सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्तु, प्रवर्तमानः विषयः अदन्ताङ्गेषु परस्मैपदीधातूनां विषये तिङ्प्रत्ययानां सिद्धिः। सर्वेषु लकारेषु मूलतिङ्प्रत्ययाः समानाः। तिप् तस् झि सिप् तस् था मिप् वस् मस् ता आतां झाथा साथां त्वम् इड् वहिमहिम् एते अष्टादशमूलप्रत्ययाः सन्ति। मूलप्रत्ययतः भिन्नभिन्न आदेशाः भूत्वा भिन्नकार्याणि भूत्वा भिन्नसूत्रैः सिद्धतिङ्प्रत्ययानां निर्माणं भवति। गते वर्गे अदन्ताङ्गेषु लट् लकारे परस्मैपदीधातूनां कृते सिद्धतिङ्प्रत्ययानां निर्माणं कथं भवति इति पठितवन्तः। सूत्राणाम् आधारेण लट् लकारे सिद्धतिङ्प्रत्ययानां निर्माणं कथं भवति इति वयं दृष्टवन्तः। अद्य अदन्ताङ्गेषु लोट् लकारप्रसङ्गे परस्मैपदीधातूनां कृते सिद्धतिङ्प्रत्ययानां निर्माणं कथं भवति इति एकवारम् अवलोकयाम। सूत्राणाम् आधारेण पठामः। लट् लकारे एकः एव प्रत्यादेशः अस्ति। झोन्तः इति सूत्रेण प्रथमपुरुष बहुवचन झि प्रत्ययस्य स्थाने तत्र झि इत्यस्य झकारस्य स्थाने अन्तादेशः भवति। अतः अन्ति इति लट् लकारे प्रथमपुरुष बहुवचनसिद्धप्रत्ययः अस्ति। झोन्तः इति एकमेव सूत्रं प्रत्ययादेशस्य कृते लट् लकारप्रसङ्गे अस्ति। झोन्तः इति सूत्रं यद्यपि अङ्गस्य इत्यस्मिन् अधिकारे अस्ति, तथापि अनेन सूत्रेण अङ्गकार्यं न भवति। झोन्तः इति सूत्रेण केवलं प्रत्ययादेशः भवति, न तु अङ्गकार्यम्। एषः एकः एव प्रत्ययादेशः लटि प्रसङ्गे, किन्तु लोटि प्रसङ्गे सर्वत्र प्रत्ययादेशाः भवन्ति। इत्युक्ते लोटि प्रसङ्गे बहूनि सूत्राणि सन्ति। लोटि प्रसङ्गे बहुत्र बहुषु स्थलेषु प्रत्ययादेशाः दृश्यन्ते। बहुभिः सूत्रैः प्रत्ययादेशाः भवन्ति लोटि प्रसङ्गे। लोटि प्रसङ्गे परस्मैपदीधातूनां सिद्धतिङ्प्रत्ययानां विषये नियमाः स्थापिताः। इत्युक्ते सिद्धप्रत्ययनिर्माण अवसरे लोटि प्रसङ्गे पालनीयाः नियमाः केचन सन्ति। तत्र नियमाः स्थापिताः, नियमान् अनुसृत्य भिन्नसूत्रैः कार्याणि भवन्ति। आदौ नियमान् पठामः, पश्चात् नियमान् अनुसृत्य कार्याणि भवन्ति सूत्रैः। तिप् इत्यत्र पकारस्य इत्संज्ञा भूत्वा पकारस्य लोपः भवति, ति एव अवशिष्यते। पश्चात् एरुः इति सूत्रेण इकारस्य स्थाने उकारादेशः भवति, अतः लोटि सिद्धतिङ्प्रत्ययः तु भवति। प्रथमपुरुष एकवचनप्रत्ययः तु भवति। एवं रीत्या तत्र एरुः इति एकं सूत्रमस्ति। द्विवचनप्रसङ्गे तस्थस्थमिपां तान्तन्तामः इति एकं सूत्रमस्ति। तेन सूत्रेण तस् इति प्रत्ययस्य स्थाने ताम् आदेशः भवति। प्रथमपुरुष बहुवचनप्रसङ्गे झि प्रत्ययस्य स्थाने तत्र झकारस्य स्थाने झोन्तः इति सूत्रेण अन्तादेशः भवति। पश्चात् एरुः इति सूत्रेण इकारस्य स्थाने उकारादेशः भवति। इत्यतः अन्तु इति सिद्धप्रत्ययः निर्मीयते। लङ्घिप्रसङ्गे इतश्च इति सूत्रेण इकारस्य लोपः भवति, किन्तु लोटिप्रसङ्गे यद्यपि लोट् लकारः लङ्वत् भवति, तथापि तत्र इतस्य सूत्रं प्रबाध्य एरुः इति सूत्रेण इकारस्य स्थाने उकारादेशः भवति। इत्यतः प्रथमपुरुष बहुवचनप्रत्ययः अन्तु भवति, अतः एव भवन्तु इति रूपं सिद्ध्यति। मध्यमपुरुषे एकवचने सिप् इति प्रत्ययस्य स्थाने सेर्ह्यपि च इति सूत्रेण हि आदेशः भवति। अदन्तमङ्गमस्ति चेत् अतो हेः इति सूत्रेण हि प्रत्ययस्य लुक् भवति, किन्तु अनदन्तमङ्गमस्ति चेत् हि प्रत्ययः यथावत् तिष्ठति। मध्यमपुरुष द्विवचनप्रत्ययः थस् अस्ति, तत्र तस्थस्थमिपां तान्तन्तामः इति सूत्रेण थस् प्रत्ययस्य स्थाने तम् आदेशः भवति, इत्यतः भवतम् इति रूपं सिद्ध्यति। मध्यमपुरुष बहुवचनप्रत्ययः था अस्ति, तत्रापि तस्थस्तमिपां तान्तन्तामः इति सूत्रेण था इत्यस्य स्थाने ता इति आदेशः भवति इत्यतः तत्र सिद्धप्रत्ययः ता इति निष्पन्नं भवति. उत्तमपुरुषे मिप् इति प्रत्ययः अस्ति खलु, मूलप्रत्ययः. मिप् प्रत्ययस्य स्थाने तस्थस्तमिपां तान्तन्तामः इति सूत्रेण तत्र मिप् स्थाने अम आदेशः भवति स्म, किन्तु न भवति. तत्र तस्थस्तमिपां तान्तं तामः इति सूत्रं प्रबाध्य, अपवादसूत्रम् आगत्य, मेर्णिः इति सूत्रम् आगत्य मि स्थाने नि आदेशः भवतु इति वदति. अपि च उत्तमपुरुषे आडुत्तमस्य पिच्च इति सूत्रेण आड् आगमः भवति, आट् आगमः भवति. आट् टित् आगमः अस्ति इत्यतः प्रत्ययस्य आदौ आयाति इत्यतः अन्ततो गत्वा उत्तमपुरुषे एकवचने आनि इति सिद्धप्रत्ययस्य निर्माणं भवति. अपि च द्विवचने वस् प्रत्ययः अस्ति खलु, वस् प्रत्ययस्य सकारः अस्ति खलु, सकारस्य स्थाने ससजुषोरुः इति सूत्रेण ऋत्वं भवति स्म, किन्तु न भवति. किमर्थम् इत्युक्ते तत्र बलाबलचिन्तनं करणीयम्. उत्तमपुरुषद्विवचने वस् इति प्रत्ययः अस्ति, वस् प्रत्ययस्य सकारस्य लोपः भवति नित्यं नितः इति सूत्रेण. तत्र वा इति रूपमेव तिष्ठति, अतः लोटि उत्तमपुरुष द्विवचनप्रत्ययः आव. एवं रीत्या एव उत्तमपुरुष बहुवचनप्रत्ययः मस् अस्ति, मस् इत्यत्रापि सकारस्य लोपः भवति नित्यं नितः इति सूत्रेण अन्ततो गत्वा उत्तमपुरुष बहुवचन सिद्धप्रत्ययः आम. उत्तमपुरुषे आनि, आव, आम एते सिद्धप्रत्ययाः निर्मीयन्ते भिन्नसूत्रैः. सारांशत्वेन एवम् उक्तवती, किन्तु अत्र सूत्राणि पठामः. सूत्राणि पठामः चेत् इतोपि किञ्चित् अवगन्तुं शक्नुमः. प्रथमपुरुष एकवचन तु प्रत्ययः, मूलप्रत्ययं पश्यन्तु, सिद्धप्रत्ययं पश्यन्तु, कुत्र कुत्र परिवर्तनं भवति, कीदृशपरिवर्तनं भवति, मूलप्रत्ययस्य स्थाने किं रूपम् आगतं, किमर्थम् आगतं, केन सूत्रेण आगतम्, एतत् सर्वं सूक्ष्मरीत्या अस्माभिः परिशीलनीयम्. प्रथमपुरुष एकवचनप्रत्ययं पश्यन्तु, तत्र मूलप्रत्ययः तिप् अस्ति, तिप् तः तु इति रूपम् आगतं, किमर्थम् इति एकवारं पठामः. अत्र एरुः इति सूत्रात् आरभ्य पठेम. सुजाता भगिनी, भवती आरम्भं करोतु. तर्हि नियमान् अनुसृत्य कार्यम् एवं भवति, तस्मात् आरभ्य पठतु.
निस्लकाराः नकार इति येषां ते लङ् लिङ् लिङ् लुङ् रुङ् लोट् नित्वत् भवति. अतः यत्र नित् लकाराणां सार्वत्रिकनियमः भवति, बहुत्र लोटि अपि तस्य नियमस्य प्रसक्तिः. तर्हि नियमान् अनुसृत्य कार्यम् एवं. तिप् पकारलोपः ति एव अवशिष्यते, ति स्थाने तु इति लोट् प्रत्ययः निष्पन्नः. एरु इत्यनेन इकारस्य स्थाने उकार आदेशः भवति, तु निष्पद्यते.
अत्र एरुः इति सूत्रं पठतु, अधोभागे सूत्रमस्ति.
आं भगिनि, एरुः एरुः तृतीयाध्याये चतुर्थपादे षष्टसप्ततितमसूत्रमस्ति.
पश्यतु, उपरि नियमाः इत्यत्र एकं वाक्यमस्ति, तद्वाक्यमपि पठतु.
परस्मैपदस्य मूलतिङ्प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति.
तत् किं वदति?
मूलतिङ्प्रत्ययस्य इकारः स्थाने उकारः भवति, तिप् स्थाने.
केवलं तिप् स्थाने भवति वा, अन्यत्रापि भवितुं शक्नोति वा?
अन्यत्रापि अन्तु तत्रापि भवति.
किमर्थं चेत् झि इति प्रत्यये अन्ते इकारः अस्ति खलु.
आं भगिनि,
परस्मैपदी धातूनां कृते मूलतिङ्प्रत्ययेषु यत्र यत्र इकारः दृश्यते तत्र इकारस्य स्थाने उकारः भवितुं शक्नोति. सिप् इत्यत्रापि भवितुं शक्नोति वा, अस्य प्रसक्तिः अस्ति वा?
सिप् इत्यस्य न भवति.
सिप् इत्यत्र इकारः अस्ति इति कारणतः एरुः सूत्रस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः नास्ति इति अन्या वार्ता.
आं भगिनि,
सिप् इत्यत्रापि एरुः इत्यस्य प्रसक्तिः अस्ति, मिप् इत्यत्रापि एरुः इति सूत्रस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः नास्ति. प्राप्तिः नास्ति किमर्थम् इत्युक्ते तत्र अपवादसूत्रं कार्यं करोति, अन्यत् सूत्रं कार्यं करोति. इतोपि अन्यत्र अस्य प्रसक्तिः अस्ति. आत्मनेपदी प्रत्ययानां प्रसङ्गे कुत्र कुत्र अस्य प्रसक्तिः अस्ति इति एकवारं परिशीलयामः. आत्मनेपदमूलप्रत्ययानां विषये कुत्र एरुः इति सूत्रस्य प्रसक्तिः अस्ति इति प्रश्ने सति, इड् वहि महिङ् इति वदामः खलु, इट् इत्यत्र अनुबन्धलोपानन्तरम् इ अवशिष्यते, तत्रापि एरुः सूत्रस्य प्रसक्तिः अस्ति. वहि इत्यत्रापि इकारः अन्ते अस्ति इति कारणतः एरुः सूत्रस्य प्रसक्तिः अस्ति, महि इत्यत्रापि अस्ति, किन्तु तत्र कार्यं किमर्थं न भवति इति अन्या वार्ता. इत्युक्ते तेषु स्थलेषु अन्येन सूत्रेण एरुः सूत्रस्य कार्यं बाधित्वा अन्येन सूत्रेण कार्यं भवति, अतः तेषु स्थलेषु एरुः सूत्रस्य प्राप्तिः न भवति. एरुः प्रसङ्गे भवती पठतु.
एरुः लोट् लकारः सम्बद्ध इकारस्य स्थाने उकारादेशः भवति. लोट् इकारस्य उः येः षष्ट्यन्तम् उः प्रथमान्तं द्विपदमिदं सूत्रं लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य येः उः अनुवृत्तिसहितसूत्रं लोट् लकार लोट् लकारे लस्य स्थाने येः स्थाने उः आदेशः भवति.
येः स्थाने भवति वा ई स्थाने भवति?
ई स्थाने उः भवति.
इकारस्य स्थाने उकारादेशः भवति. अनुवृत्तिसहितसूत्रं पश्यतु, लोटः लस्य एः उः इति लिखितमस्ति. इत्युक्ते इदं सूत्रं लोट् लकारप्रसङ्गे एव कार्यं करोति. एः इति षष्ट्यन्तमस्ति, तत्र प्रातिपदिकं किमस्ति?
प्रातिपदिकं ये अस्ति
भगिनि. इति प्रातिपदिकमस्ति. हरिशब्दं जानाति खलु? हरिः इति इकारान्तपदमस्ति. प्रातिपदिकं हरि अस्ति. षष्ट्यन्तं किमस्ति? हरेः इति षष्ट्यन्तमस्ति. हरेः इति षष्ट्यन्तमस्ति. हरेः इति रूपसाधनवेलायां कानि कार्याणि भवन्ति इति एकवारं वक्तुमिच्छामि. मुनिः इति पदमस्ति. मुनिः इति इकारान्तशब्दः अस्ति. मुनि इति प्रातिपदिकात् षष्ट्यन्तं रूपं मुनेः. षष्टिविभक्ति एकवचनप्रत्ययः, ण्यस् प्रत्ययः अस्ति. षष्टिविभक्ति एकवचनप्रत्ययः ण्यस् अस्ति. लषक्वतधिते इत्यनेन अनुबन्धलोपानन्तरम् अस् अवशिष्यते. मुनियोगः अस् इति स्थितिः अस्ति. अनुबन्धलोपानन्तरं मुनियोगः अस् अथवा हरियोगः अस् इति रूपमस्ति. पश्चात् घेर्णिति इति एकं सूत्रम् आयाति. तत्र घेर्णिति इति सूत्रेण मुनि इति शब्दस्य घिसंज्ञा अस्ति इति कारणतः घेर्णिति इति सूत्रेण, इत्युक्ते घिसंज्ञकशब्दस्य परं नित् प्रत्ययः, इत्युक्ते ण्यस् इति प्रत्ययः नित् प्रत्ययः, अतः घेर्णिति इति सूत्रेण अङ्गस्य गुणः भवति इति कारणतः मुनि अथवा हरि इत्यत्र इकारस्य गुणः भूत्वा एकारः भवति. तेन मुने इति रूपं सिद्ध्यति, हरे इति रूपं सिद्ध्यति. पश्चात् अस् इति प्रत्ययः अस्ति खलु, मुने योगः अस् इति रूपं सिद्ध्यति. मुने योगः अस् इत्यत्र यचोयवायावः इति सन्धिसूत्रं प्रबाध्य, तत्र मुने योगः अस् इत्यत्र यचोयवायावः इति सूत्रं कार्यं कर्तुं शक्नोति, किन्तु अपवादत्वेन यचोयवायावः इति सूत्रं प्रबाध्य नसि नसोश्च इति एकं सूत्रम् आगत्य पूर्वरूपादेशं करोति, अतः मुने इति रूपं तत्र तिष्ठति. मुने योगः अस् इत्यत्र मुनेस् इति रूपं सिद्ध्यति. मुनेस् इत्यत्र अन्ते सकारः अस्ति खलु, सः सकारः ससजुषोरुः इति सूत्रेण रुत्वं भवति. पश्चात् खरवसानयोर्विसर्जनीयः इति सूत्रेण मुनेः इति रूपं सिद्ध्यति. अन्तिमसोपाने ससजुषोरुः खरवसानयोर्विसर्जनीयः इति सूत्रद्वयेन विसर्गादेशः भवति इत्यतः षष्ट्यन्तं रूपं मुनेः हरेः इति रूपं सिद्ध्यति. एवमेव अत्र एः इति रूपम् आगतम्. एः इति रूपं साधयितुम् ई योगः न्यस् इति स्थितिः. प्रथमसोपाने ई योगः न्यस् इति स्थितिः अस्ति. न्यस् इत्यत्र अनुबन्धलोपः, तेन ई योगः अस्. इदानीं घेर्णिति इति सूत्रेण गुणादेशः, तेन ए योगः अस् इति स्थितिः भवति. अत्र पूर्वरूपादेशं कृत्वा एस् इति रूपं सिद्ध्यति. एस् योगः उः इति रूपं सिद्ध्यति. किन्तु एकवारं सूत्रं पश्यतु, एरुः इति लिखितमस्ति. एरुः इत्यत्र किमर्थं रेफस्य आगमनम्? एरुः इति पदं कथं साधितम् इति वदन्ती अस्मि. इत्युक्ते ई योगः न्यस् षष्टिविभक्ति एकवचनप्रत्ययं न्यस् प्रत्ययं योजयामश्चेत् ई योगः न्यस् इत्यस्मात् गुणकार्यं पूर्वरूपादेशः एतत् सर्वं भूत्वा एस् इति रूपं सिद्ध्यति. एस् योगः उः इति स्थितिः अस्ति. एस् योगः उः इत्यत्र उकारः खर्वर्णः नास्ति खलु, अवसानमपि नास्ति खलु, अतः खरवसानयोर्विसर्जनीयः इति सूत्रं कार्यं न करोति तत्र. केवलं ससजुषोरुः इत्यनेन रुत्वमेव भवति. अतः एस् इत्यस्य रूपम् एर् भवति. एर् योगः उः एरुः. तादृशरीत्या इदं पदं साधितम्. सुबन्तप्रक्रियायाः प्रसङ्गे एतत् सर्वं पठामः. अत्र प्रातिपदिकमस्ति ई. ई इति प्रातिपदिकात् षष्ट्यन्तं रूपम् एः इति रूपं साधितं. मुनिशब्दात् मुनेः, हरिशब्दात् हरेः, एतादृशानि रूपाणि एवं रीत्या साधनीयानि. अपि च एरुः इति सूत्रस्य प्रसङ्गे इतोपि किं ज्ञातव्यम् इत्युक्ते, लङ्लकारे इतश्च इति एकं सूत्रम् आयाति. तेन सूत्रेण इकारस्य लोपः भवति. अतः एव लङ्लकारे रूपाणि अभवत्, अभवन् इत्यादीनि रूपाणि भवन्ति. इतश्च सूत्रेण तत्र इकारस्य लोपः भवति. किन्तु लोटो लङ्वत् इति सूत्रम् एकं सूत्रमस्ति खलु. लोट् लङ् इव प्रवर्तते इति लोटो लङ्वत् इति अतिदेशसूत्रेण उच्यते. किन्तु सर्वत्र लोट् लङ् इव प्रवर्तते इति नियमः नास्ति. सर्वत्र तादृशनियमः न प्रवर्तते. इत्युक्ते लङ् लकारे यानि यानि सूत्राणि कार्यं कुर्वन्ति, यैः यैः सूत्रैः कार्याणि भवन्ति, तेषां सर्वेषां सूत्राणां कार्याणि लोटि अपि भवन्तु इति नियमः तु नास्ति. केषुचित् स्थलेषु एव लोट् लङ् इव प्रवर्तते इति स्मर्तव्यः अंशः. अतः लोट् लकारे इतश्च इति सूत्रं प्रबाध्य एरुः इति सूत्रेण इकारस्य स्थाने उकारादेशः भवति. अपि च एरुः सूत्रस्य प्रसक्तिः बहुत्र अस्ति, किन्तु तस्य प्राप्तिः केवलं प्रथमपुरुष एकवचने, प्रथमपुरुष बहुवचने एव अस्ति. सुजाता भगिनी भवती वदतु, प्रथमपुरुष एकवचनप्रसङ्गे एकम् अन्यत् रूपं दृश्यते खलु?
तात्.
तत् किम्?
तत् वैकल्पेन आयाति. सूत्रमस्ति
तुह्योस्तातङ्ग् आसीष् अन्यतरस्याम् इति सूत्रमस्ति. तत् सूत्रमपि अधोभागे लिखितमस्ति. लोट्लकारे परस्मैपदी प्रत्ययानां विषये प्रथमपुरुष एकवचने तु इति सिद्धप्रत्ययः अस्ति, तात् इत्यपि सिद्धप्रत्ययः अस्ति. तत्र विकल्पेन रूपद्वयं सिद्ध्यति. प्रथमपुरुष एकवचने विकल्पेन रूपद्वयं भवतु, भवतात् इति रूपद्वयमस्ति. भवतात् इति रूपं मध्यमपुरुषे अपि एकवचने भवतात् इति रूपं सिद्ध्यति. तत्र तुह्योस्तातङ्ग् आसि अन्यतरस्याम् इति सूत्रमस्ति. तु प्रत्ययस्य स्थाने, हि प्रत्ययस्य स्थाने तत्र तातङ्ग आदेशः भवति. तातङ्ग आदेशः नित् आदेशः. किमर्थं भवति इति प्रश्ने सति, लोट्लकारस्य बहवः अर्थाः सन्ति. आज्ञार्थे, प्रार्थनार्थे लोट् प्रत्ययः विहितः भवति. यत्र यत्र आशीर्वादार्थे लोट् प्रत्ययः विहितः भवति तस्यां दशायाम् एव तातङ्गादेशः भवति. तुह्योस्तातङ्गाशीः अन्यतरस्याम् इति सूत्रेण. इत्युक्ते आशीर्वादार्थे लोट् प्रत्ययस्य प्रयोगः यत्र यत्र भवति तत्र एव भवतातीत् रूपं द्रष्टुं शक्नुमः. प्रथमपुरुषे एकवचने भवतातीत् रूपम् अस्ति, मध्यमपुरुषे एकवचने अपि भवतातीत् रूपम् अस्ति. तादृशं रूपम् आशीर्वादार्थे एव प्रयुज्यते. तत्र विकल्पेन रूपद्वयं सिद्ध्यति इति तत्र विषयः. तातङ्ग आदेशः नित्तादेशः अस्ति. नीलं भगिनी भवती वदतु, एरुः प्रसङ्गे इतोपि किं ज्ञातव्यम्?
एरुः इति सूत्रस्य प्रसक्तिः केवलं लोट् लकारे, तदपि उक्तं. सो लोट् लकारे एव एरुः इति, किमर्थं चेत् तत्र लोटः लस्य एह उः इति सम्पूर्णसूत्रं. सो केवलं लोट् लकारे एव तत्र इकारस्य यः परस्मै, यत् लोट् लकारे यः लस्य इत्यनेन तिवादयः आयान्ति, तेषां यः इकारः तस्य इकारस्य स्थाने उः उकार आदेशः भवति. अतः तत्र परन्तु यथा भवती उक्तवती, तत्र केवलं प्रत्ययद्वये एव एतत् सूत्रं कार्यं करोति. आत्मनेपदीविषये यद्यपि इकारः तत्र अस्ति उत्तमपुरुषे, परन्तु तत्र भिन्नसूत्रे हि कार्यम्, अतः तत्र प्राप्तिः न अस्य सूत्रस्य प्राप्तिः न भवति. यद्यपि प्रसक्तिः अस्ति परन्तु प्राप्तिः न भवति. अतः लोट् लकारे इकारस्य प्रत्ययस्य इकारस्य तत्र उकारादेशः भवति.
बहु सम्यक्. तिप् इत्यत्र इकारः अस्ति इत्यतः अनेन सूत्रेण कार्यं भवति. बहुवचनप्रत्ययः झि प्रत्ययस्य प्रसङ्गे आदौ झोन्तः इति सूत्रेण कार्यं भवति, पश्चात् इकारस्य स्थाने एरुः सूत्रेण उकारादेशः भवति. अस्य प्रसक्तिः बहुत्र अस्ति, किन्तु अस्य प्राप्तिः केषुचित् स्थलेषु एव अस्ति. न केवलं परस्मैपदी प्रत्ययानां विषये, आत्मनेपदीप्रत्ययानां प्रसङ्गे अपि उभयत्र अस्य सूत्रस्य प्रसक्तिः अस्ति, किन्तु अन्येन सूत्रेण अस्य सूत्रस्य कार्यं बाधितं चेत् तस्य प्राप्तिः न भवति. अपि च एकं वक्तुमिच्छामि, झोन्तः इति सूत्रम् अङ्गस्य इत्यस्मिन् अधिकारे अस्ति चेदपि झोन्तः इति सूत्रेण प्रत्ययादेशः एव भवति, न तु अङ्गकार्यम्. किमर्थं झोन्तः इति सूत्रम् अङ्गस्य इत्यस्मिन् अधिकारे स्थापितम् इति प्रश्ने सति, अनुवृत्त्यर्थम्, अनुवृत्तिवशात् झोन्तः इति सूत्रम् अङ्गस्य इत्यस्मिन् अधिकारे स्थापितमस्ति. झोन्तः इति सूत्रेण प्रत्ययादेशः एव भवति, न तु अङ्गकार्यम् इति स्मर्तव्यः अंशः. तस्थस्थमिपां तान्तन्तामः प्रसङ्गे नीलं भगिनी पठित्वा वदतु.
नृत्यबिन्दुः अस्ति तस्थस्थ मिप् नित्सु लकारेषु लोटि च एतेषां स्थाने क्रमेण तां तं त अम् एते आदेशाः. सूत्रमस्ति तस्थस्थमिपां तान्तं तामः, तृतीयाध्याये चतुर्थपादे एकाधिक एकशततम सूत्रं. तस्थस्थ मिप् नित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशाः. तश्च यस्थ च थ च मिप् च, तेषाम् इतरेतरद्वन्द्वः तस्थस्थमिपा मिपः, तेषां तस्थस्थमिपां तां च तं च त च अं च, तेषाम् इतरेतरद्वन्द्वः तान् तन् तामः. अपि च तस्थस् मिपां षष्ठ्यन्तं, तान् तन् तामः प्रथमान्तं, द्विपदमिदं सूत्रम्. नित्यं नितः तृतीयाध्याये चतुर्थपादे नवनवतितमं सूत्रम् इत्यस्मात् नितः इत्यस्य अनुवृत्तिः. लस्य तृतीयाध्याये चतुर्थपादे सप्तसप्ततितमं सूत्रम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं नितः लस्य तस्थस्थमिपां तान्तं तामः. एतत् सूत्रं नित्सु लकारेषु कार्यं करोति, अतः तत्र लङ् लुङ् एते सर्वे नित्लकाराः, तत्र चत्वारि नित्लकाराः, तत्र तेषां विषये एतत् सूत्रस्य प्रसक्तिः. अपि च लोटो लङ्वत् इत्यनेन लोट् लकारस्य उपरि लङ् इति नित्लक्षणम् अध्यारोपिते, अतः लोट् लकारे अपि एतस्य सूत्रस्य प्रसक्तिः. अत्र अत्र चत्वारि प्रत्ययाः सन्ति, तस् अपि च थस् अपि च थ मिप् चत्वारः. एते प्रत्ययाः केवलं परस्मैपदीप्रत्ययः अतः आत्मनेपदीप्रत्ययेषु एतत् सूत्रस्य प्रसक्तिः न भवति. तस् थस् थ म्युप् एतत् पदं षष्ठ्यन्तम् अस्ति अतः एते स्थानी भवति. तेषां स्थाने क्रमेण तत्र तां तस् स्थाने ताम् आदेशः, थस् स्थाने तम् आदेशः, थ स्थाने त आदेशः, मिप् स्थाने अम् आदेशः तत्र भवन्ति केवलं नित्सुलकारेषु. सो अत्र अपि च अत्र नित्यं नितः इति सूत्रस्य सूत्रद्वारा सूत्रात् तत्र नितः इति अनुवृत्तिः अस्ति, अपि च लस्य इत्यादि अधिकारः. सो नित्लकारे लस्य स्थाने ये तस् थस् थ अपि च मिप् तेषां स्थाने तान् तां तम् अपि च ता अपि च अम् आदेशाः तत्र भवन्ति. अतः लोटि अपि एतस्य प्रसक्तिः अस्ति.
उत्तमम्. वस्तुतः इदं सूत्रं नित्लकारेषु एव कार्यं करोति इति मुख्यविषयः. अतः एव अनुवृत्तिसहितसूत्रं पश्यामश्चेत् नितः लस्य तस्थस्थमिपां तान्तन्तामः इति उक्तमस्ति. इदं सूत्रं नित्सु लकारेषु, येषु लकारेषु ञकारः इति संज्ञकः अस्ति तेषु लकारेषु एव अस्य कार्यं भवति. लङ्गु, लुङ्गु, लृङ्गु, लिङ्ग् एतेषु लकारेषु अस्य सूत्रस्य प्रसक्तिः प्राप्तिः अस्ति. तस्थस्थमिपाम् इत्यत्र तश्च थश्च थ च मिप् च तेषां तत्र चत्वारः पदार्थाः सन्ति इत्यतः द्वन्द्वसमासः कृतः, इतरेतरद्वन्द्वसमासः कृतः. समाहारद्वन्द्वमपि कर्तुं शक्नुमः किन्तु पाणिनिः स्वतन्त्रः, तस्य इच्छानुगुणं लिखितमस्ति. समाहारद्वन्द्वः अपि भवितुं शक्नोति. तस्थस्थमिपाम् इति षष्ट्यन्तमस्ति चेत् प्रथमान्तं किं भवति, भवती वदतु.
तत्र तस्थस्थं
हलन्तशब्दः
मिपः,
मिपः इति बहुवचनं भवति. तस्थस्थमिपः इति रूपं भवति प्रथमान्तं, बहुवचनरूपं सिद्ध्यति. अत्र प्रातिपदिकं किं भवति इत्युक्ते तस्थस्थमिप् इति भवति. यथा भवत् इति प्रातिपदिकमस्ति, भवत् इति प्रातिपदिकस्य षष्टिविभक्ति बहुवचनरूपं किम् अस्ति?
भवत् शब्दस्य
भवताम् अस्ति. एवमेव अत्रापि हलन्तशब्दः अस्ति इति कारणतः तस्थस्थमिपाम् इति रूपं साधितं. सरित् इति शब्दः अस्ति चेत् षष्टिविभक्ति बहुवचनरूपं सरिताम्. एवमेव अत्र तस्थस्थमिपाम् इति लिखितमस्ति. तान्तन्तामः इति प्रथमाविभक्ति बहुवचनरूपम् अस्ति. तान्तन्तामः इत्यत्र प्रथमाविभक्ति एकवचनं भवितुं शक्नोति वा? अत्र बहुवचनरूपं दत्तमस्ति. तान्तन्तामः इत्यत्र बहुवचनरूपं दत्तमस्ति. इदमपि हलन्तपदमेव, हलन्तशब्दः. एकवचनं वक्तुमिच्छामश्चेत् तान्तन्ताम् इति भवति. सरित्, सरितौ, सरितः. एवमेव तान्तन्ताम्, तान्तन्तामौ, तान्तन्तामः, एवं रीत्या रूपाणि वक्तव्यानि. तान्तन्तामः इति पदं पश्यामश्चेत् तत्र बहूनि सन्धिकार्याणि दृश्यन्ते. कोऽपि वक्तुमिच्छति वा? सत्यभामा भगिनी, भवती वक्तुमिच्छति वा?
अत्र ताम् इति प्रथमं ताम् इति अस्ति खलु, अत्र अनुस्वारस्य स्थाने नकारः.
अत्र किं वक्तव्यं? ताम् इत्यत्र अन्ते मकारः अस्ति, मकारस्य स्थाने आदौ अनुस्वारादेशः भवति.
अनुस्वारस्य इदानीं यै परसवर्णः आदेशः भवति तकारस्य नकारः भवति, तर्हि अत्र यै परसवर्णे इति सूत्रेण परसवर्णादेशः भवति, अतः नकारः भवति तान्. तदेव द्वितीयस्थले अपि तदेव ताम् अत्रापि मकारस्य स्थाने अनुस्वारः, अनुस्वारस्य स्थाने पुनः परसवर्णादेशः भवति, अतः अत्र नकारः.
तान्तन्तामः इति रूपं पश्यामश्चेत् तां च, तं च, तत् च, अं च इति लिखितमस्ति. इदं समस्तपदमस्ति. अस्मिन् समस्तपदे चत्वारि पदानि सन्ति, अतः इतरेतरद्वन्द्वसमासः कृतः. चत्वारि पदानि दत्तानि अस्मिन् समस्तपदे, चत्वारि पदानि. चतुर्णां पदानां योजनं कृत्वा इदं समस्तपदं निर्मितमस्ति अतः अत्र अनुस्वारादेशस्य कृते मोनुस्वारः इति सूत्रं कार्यं करोति न तु नश्चापदान्तस्य झलि नश्चापदान्तस्य झलि इति सूत्रेण अपदान्तकार्यं भवति मोनुस्वारः इति सूत्रेण पदान्तकार्यं भवति अत्र चत्वारि पदानि सन्ति तां योगः तम् इत्यत्र अन्ते मकारः अस्ति अत्र पदान्तकार्यं भवति इत्यतः मोनुस्वारः इति सूत्रेण अनुस्वारादेशः भवति पश्चात् वापदान्तस्य इति सूत्रेण न तु अनुस्वारस्य ययि परसवर्णः इति सूत्रं कार्यं न करोति अनुस्वारस्य ययि परसवर्णः इति सूत्रम् अपदान्तकार्यं करोति किन्तु अत्र एतानि सर्वाणि पदानि अतः पदान्तकार्यम् अपेक्षितमस्ति अतः अत्र वापदान्तस्य इति सूत्रेण अनुस्वारस्य स्थाने परसवर्णादेशः भवति इत्यतः तान् इति रूपं सिद्ध्यति यथा भवती उक्तवती द्वितीयवारमपि तानि कार्याणि एव भवन्ति इत्युक्ते द्वितीयस्थले अपि मोनुस्वारः वापदान्तस्य एतेन सूत्रद्वयेन कार्याणि भवन्ति अतः तदर्थमेव अस्य पदस्य रूपं तान्तन्तामः रूपं पश्यन्तु तान्तन्तामः इति लिखितमस्ति अस्मिन् पदे दन्त्यनकारः कुतः आगतः किमर्थम् आगतः दन्त्यनकारसहितं रूपं द्विवारं दृश्यते किमर्थम् इति प्रश्ने सति तत्र मोनुस्वारः अपि च वापदान्तस्य इति सूत्रद्वयेन दन्त्यनकारः आगतः इमानि सन्धिकार्याणि वयं जानीमः एव तस्थस्थमिपां तान्तन्तामः इति सूत्रस्य प्रसङ्गे एकं परिभाषासूत्रम् अपेक्षितमस्ति एकवारं पश्यन्तु क्रमेण आदेशाः भवन्ति क्रमेण इति पदं लिखितमस्ति क्रमेण इति कथनेन तत्र किं परिभाषासूत्रम् अपेक्षितमस्ति नरसिंहहेग्डे महोदय भवान् वदतु यथासङ्ख्यमनुदेशः समानाम् इति सूत्रं किं वदति
यथासङ्ख्यमनुदेशः समानां यत्र आदेशाः बहूनि सन्ति अनन्तरं स्थानिनः बहूनि सन्ति तत्र क्रमशः आदेशाः भवन्ति प्रथमस्थानिनस्थाने प्रथम आदेश द्वितीयस्थानिन स्थाने द्वितीय आदेशः तादृशं
बहु सम्यक् अस्मिन् सूत्रे चत्वारः स्थानिनः सन्ति चत्वारः आदेशाः सन्ति इत्युक्ते गणद्वयमस्ति प्रथमे गणे चत्वारः स्थानिनः द्वितीये गणे चत्वारः आदेशाः भवन्ति तत्र स्थानिनः आदेशाः च समसङ्ख्यकाः सन्ति इत्यतः अनेन सूत्रेण इत्युक्ते यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रेण सदस्यानां क्रमम् अनुसृत्य तत्र आदेशाः भवन्ति इत्यतः एतेषां प्रत्ययानां स्थाने क्रमेण तां तं ता अम् एते आदेशाः भवन्ति इति लिखितमस्ति इत्युक्ते अत्र यथासङ्ख्यमनुदेशः समानाम् इति सूत्रम् अपेक्षितम् तेन परिभाषासूत्रेण अत्र आदेशाः भवन्ति अपि च नीलं भगिनी भवती वदतु तस्थस्थमिपां तान्तन्तामः इत्यस्मिन् सूत्रे चत्वारः आदेशाः उक्ताः किन्तु मिप् प्रत्ययस्य स्थाने अम् आदेशः किमर्थं न भवति लोट्लकारे
एतत् सूत्रस्य तत्र अपवादः अस्ति भगिनी तत्र मेर्निः इति सूत्रमस्ति सो तत्र मि इत्यस्य स्थाने तत्र नि इति आदेशः अतः अपवादसूत्रं किमर्थं चेत् अन्यथा तत् मेर्नि इति लोटि एव कार्यमस्ति सो तत् सूत्रं निरावकाशः अन्यथा भवति अतः तत्र अम् आदेशः बाधित्वा तत्र नि इति आदेशः भवति
बहु सम्यक् इत्युक्ते यद्यपि अस्मिन् सूत्रे चत्वारः आदेशाः प्रोक्ताः तथापि मिप् प्रत्ययस्य स्थाने अम् इति आदेशं त्यक्त्वा लोटि मिप् प्रत्ययं विहाय अन्येषु त्रिषु स्थलेषु आदेशाः भवन्ति भूधातोः रूपाणि कथं भवन्ति भवतां द्विवचनरूपं प्रथमपुरुष द्विवचनरूपं भवतां मध्यमपुरुष द्विवचनरूपं भवतं मध्यमपुरुष बहुवचनरूपं भवत इति भवति किन्तु उत्तमपुरुष एकवचनरूपं भवानि आनि सिद्धप्रत्ययः अस्ति तत्र यथा भगिनी उक्तवती अनेन सूत्रेण मिप् स्थाने अमादेशः न भवति एतत् सूत्रं प्रबाध्य मेर्णिः इति सूत्रेण मि स्थाने नि आदेशः भवति इत्यतः अपवादत्वेन अपवादबलेन नि आदेशः भवति मेर्णिः सूत्रेण नि आदेशः भवति इत्यतः आनि इति सिद्धप्रत्ययस्य निर्माणं भवति भव इति अङ्गम अस्ति भवयोगः आनि इत्यत्र भवानि इति रूपं सिद्ध्यति तस्थस्थमिपां तान्तन्तामः इति सूत्रं नित्लकारेषु एव कार्यं करोति. किमर्थं लोटि प्रसङ्गे लोट्लकारः नित् नास्ति, लोट्लकारः टित्लकारः. एते सर्वे आदेशाः तस्थस्थमिपां तान्तन्तामः इति सूत्रेण ये ये आदेशाः उक्ताः ते आदेशाः नित्लकारेषु एव भवन्ति. लोट्लकारः नित् नास्ति, टित्लकारः. नित्लकारः नास्ति चेदपि लोट्लकारे अनेन सूत्रेण आदेशाः भवन्ति किमर्थम् इति प्रश्नस्य उत्तरम् अग्रिमे सूत्रे दत्तमस्ति. लोटो लङ्वत्, लोट्लकारः नित् नास्ति चेदपि अनेन सूत्रेण लोट्लकारे कार्याणि भवन्ति किमर्थम् इति प्रश्नः. नरसिंह हेग्डे महोदय भवान् पठतु. लोटो लङ्वत्,
लोटो लङ्वत् प्रत्ययादेशानां कृते लोट्लकारः लङ् इव भवति. अतिदेशसूत्रं लोट षष्ट्यन्तं, लङ्वत् अव्ययं द्विपदमिदं सूत्रं. कानिचन कार्याणि केवलं नित्सु भवन्ति, लोट् टित् न तु नित्. अतः नित्सु किञ्चन कार्यं भवति, यत्र नित्सु किञ्चन कार्यं भवति, नित्सु भवतु इति तर्केण लोटि तत्कार्यं न अर्हम्. अनेन सूत्रेण लोटः कृते इदं कार्यं सिद्धम्. सूत्रं स्वयं सम्पूर्णं लोटः लङ्वत्. अत्र लोटः लङ्वत् सूत्रं वदति प्रत्यय आदेशानां कृते लोट् लकारः लङ् इव भवतु. यानि कार्याणि लङ् लकारे भवति तत् लोट् लकारे अपि भवतु इति एतत् सूत्रं वदति. अतिदेशसूत्रमस्ति इत्युक्ते लोट् तस्य गुण लङ्लकारस्य गुणः तत्र आदेश अध्यारोपितं भवति लोट् लकारे. लोट् षष्ट्यन्तं, लङ्वत् अव्ययं द्विपदमिदं सूत्रं. कानिचन कार्याणि केवलं निस्सु भवति. निस्सु इत्युक्ते लङ्लकार यत्र लङ्लकार नित्लकार इत्युक्ते लङ्लकार तत्र केवल कानिचन कार्याणि भवन्ति. लोट्लकारे चित् अस्ति, टकार इत्संज्ञक अस्ति, णित् नास्ति. अतः ये कार्याणि नित्सु भवन्ति ते लोट् लकारे न भवन्ति. परन्तु तत् अपेक्षितम् अस्ति अतः तत् एतत् अतिदेशसूत्रेण तत्र तादृशकार्यं नित्सु यानि कार्याणि भवन्ति तर्हि लोट्लकारे अपि भवति महोदय. तत्र
लोटो लङ्वत् इति कथनेन नित्सु लकारेषु यानि यानि कार्याणि भवन्ति अथवा यानि यानि सूत्राणि प्रसक्तानि तानि सर्वाणि सूत्राणि तेषां सर्वेषां सूत्राणां कार्याणि लोटि अपि भवन्ति इति अर्थः तत्र नास्ति. यद्यपि लोटो लङ्वति तु उक्तमस्ति, तथापि निट्सुलकारेषु येषां येषां सूत्राणां द्वारा सिद्धप्रत्ययानां निर्माणं भवति तेषां सर्वेषां सूत्राणां कार्याणि लोटि भवन्ति इति अर्थः तत्र नास्ति इति अग्रे आयाति. सूत्रस्य अर्थः कः इति प्रश्ने सति, अनेन सूत्रेण लङ्लकारस्य गुणाः लोट्लकारे अध्यारोप्यन्ते. इदं सूत्रम् अतिदेशसूत्रमस्ति. इत्युक्ते अतिदेशसूत्रम् इति कथनेन यद्यपि लोट्लकारः नित्लकारः नास्ति, टित्लकारः अस्ति, नित्लकारस्य लक्षणानि अस्मिन् लकारे अध्यारोप्यन्ते. इत्युक्ते लङ्लकारविशिष्टानि कार्याणि लोटि अपि भवन्ति इति अर्थः अस्ति. अत्र तस्थस्थमिपां तान्तन्तामः इति सूत्रेण सर्वे आदेशाः भवन्ति. मिप् प्रत्ययादेशं विहाय अन्य आदेशाः सर्वे लोट्लकारे अपि भवन्ति. इत्युक्ते लोट्लकारे कार्याणि लङ् इव भवन्ति इति अर्थः अस्ति. लोट्लकारे नित्वम् अध्यारोप्यते. नित्सुलकारेषु यानि यानि कार्याणि भवन्ति तानि कार्याणि लोट्लकारे अपि भवन्ति इति अर्थः अस्ति. किन्तु सर्वाणि कार्याणि न भवन्ति इति स्मर्तव्यः अंशः. नित्सुलकारेषु यानि कार्याणि भवन्ति तेषु कार्येषु कानिचन कार्याणि एव लोट्लकारे अपि भवन्ति इति स्मर्तव्यः अंशः, न तु सर्वाणि कार्याणि इति अत्र आशयः अस्ति. भवानेव पठतु महोदय अग्रे.
लङ्वत् निद्वत् इत्यर्थे एवं दत्तं, नित्सुलकारेषु लङ् अन्तर्भवति अतः लङ् नितः उपलक्षणम्. उदाहरणरूपेण प्रतिनिधिरूपेण नित् स्थाने लङ् स्वीक्रियते. अतः निद्वत् न कोऽपि भेदः, यतोहि यत् किमपि कार्यं भवति निस्सु लङ् इत्युक्ते एव अर्थः दत्तं निस्सुरकारे गणपति अतः इतः
सम्यक् न श्रूयते महोदय, दूरवाणी भग्नः अभवत्, पुनः पठतु।
नेट् सम्यक् नास्ति महोदय, नेट्वर्क् अत्र लङ्वत् निद्वत् इव इत्यर्थे एव दत्तं, नित्सुलकारेषु लङ् अन्तर्भवति अतः लङ् नितः उपलक्षणम् उदाहरणरूपेण प्रतिनिधिरूपेण नित् स्थाने लङ् स्वीक्रियते, अतः निद्वत् इत्येव वक्तुं शक्यते, न कोऽपि भेदः, यतोहि यत्किमपि कार्यं भवति नित्सु तत्कार्यं लङि अपि भवति, यतः लङ् नित् अत्र नि लङ्वत् इत्यस्य स्थाने निद्वत् अपि वक्तुं शक्नुमः, कोऽपि तत्र भेदः नास्ति। यत् कार्यं भवति तत् कार्यम् अत्रापि भवतु इति, अत्र यतोहि यत् किमपि कार्यं भवति निस्सु तत् कार्यं लङि अपि भवति, अतः लङ् नित् अत्र केवलं निद्वत् निद्वत् भवति, लङ्वत् इत्यस्य स्थाने निद्वत् अपि वक्तुं शक्नुमः इति अस्ति महोदय अत्र।
उत्तमम्, इत्युक्ते पाणिनिना साक्षात् लङ्वत् इति उक्तमस्ति, लोटो निद्वत् इति न उक्तम्, किन्तु निद्वत् इति वदामश्चेत् तत्र साधुचिन्तनमेव भवति, पाणिनिना केवलं लोटो लङ्वत् इति उक्तमस्ति, न तु लोटो निद्वत्, किमर्थम् इति प्रश्ने सति अधोभागे उत्तरं दत्तमस्ति। अत्र अस्मिन् परिच्छेदे उपलक्षणं लङ् नितः उपलक्षणम् इति उक्तमस्ति, उपलक्षणम् इत्युक्ते किं? सुन्दरमहोदय भवान् वदतु, उपलक्षणम् इत्युक्ते
लक्षणस्य समीपम् नियर् द दट् वर्ल्ड्।
बहु सम्यक् भगिनि, लक्षणं भिन्नम् उपलक्षणं भिन्नं, लक्षणं भिन्नम् उपलक्षणं भिन्नं, तत्र भेदः अस्ति। उपलक्षणम् इति कथनेन लक्षणस्य समीपे अस्ति इति अर्थः अस्ति, उपकृष्णम् इति कथनेन कृष्णस्य समीपम् इति अर्थः, उपकृष्णम् इत्यस्मिन् पदे अव्ययीभावसमासः अस्ति, एवमेव उपलक्षणम् इत्यत्रापि अव्ययीभावसमासः अस्ति, लक्षणस्य समीपे अस्ति किन्तु लक्षणं नास्ति इति अर्थः तत्र स्वीकर्तव्यः। उपलक्षणम् इति कथनेन लैंडमार्क इति वक्तुं शक्यते, कैरेक्टरिस्टिक इति वक्तुं शक्यते, किन्तु लक्षणं भिन्नम् उपलक्षणं भिन्नं, किमर्थं भिन्नम् इत्युक्ते लक्षणं नित्यम् अस्ति, उपलक्षणम् अनित्यम् अस्ति इति स्मर्तव्यः अंशः। इत्युक्ते नित्लकाराणां प्रतिनिधिरूपेण उदाहरणत्वेन लङ् स्वीकृतः, लङ्लकारः स्वीकृतः नित्लकाराणां प्रतिनिधिरूपेण, किन्तु नित्लकाराणां प्रसङ्गे यानि यानि सूत्राणि प्रसक्तानि तानि सर्वाणि सूत्राणि लोट्लकारे अपि भवन्ति, तेषां सर्वेषां सूत्राणां कार्याणि लोटि अपि भवन्ति इति नास्ति, केषाञ्चन सूत्राणां कार्याणि एव लोटि अपि भवन्ति, तदर्थमेव अत्र उपलक्षणम् इति लिखितमस्ति। उपलक्षणम् इति कथनेन उपलक्षणम् अनित्यम् अस्ति, लङ्वत् इति पदमस्ति खलु, लङ्वत् इति पदम् अव्ययपदमस्ति, तत्र वति इति प्रत्ययः अस्ति, वतिप्रत्ययः अनित्यः, देवदत्तः क्षत्रियः, किन्तु ब्राह्मणवत् अधीते इत्युक्ते ब्राह्मणः इव अध्ययनं करोति इति अर्थः अस्ति, लङ्वत् इति कथनेन लङ् इव कार्यं करोति, सर्वदा न कार्यं करोति, कदाचित् केषुचित् स्थलेषु यत्र यत्र फलमपेक्षितमस्ति तत्र एव लङ्वत् प्रवर्तते लोट्लकारः अपि इति वक्तुं लङ्वत् इति पदं प्रयुक्तमस्ति। लोटो लङ्वत् इत्यस्मिन् लङ्वत् इति अव्ययपदमस्ति, तस्मिन् पदे तद्धितप्रत्ययः वतिप्रत्ययः अस्ति, केन तुल्यं क्रिया चेद्वति इति एकं सूत्रमस्ति इति भाति, तेन सूत्रेण राजवत् देवदत्तः, राजवत् शास्ते इति वाक्यमस्ति, देवदत्तः क्षत्रियः नास्ति किन्तु देवदत्तः राजवत् शासनं करोति, देवदत्तः राजवत् शास्ते, सर्वदा तादृशं कार्यं करोति वा न, कदाचित् करोति, राजवत् प्रवर्तते सः इति तत्र अर्थः अस्ति। अतः लक्षणं भिन्नम् उपलक्षणं भिन्नम्, उपलक्षणम् अनित्यम् अस्ति। नरेश् महोदय भवान् पठतु अग्रे।
अग्रे तर्हि लोट् लङ्वत् इति चेत् पाणिनिना किमर्थं लोट् टित् कृतं न तु साक्षात् नित्? कुतः लोट् स्थाने नामकरणं लोङ् न स्यात्? उत्तरमस्ति यत् तित्सु लकारेषु यानि कार्याणि भवन्ति तानि अपि अपेक्षितानि भवन्ति लोटि। यथा आत्मनेपदे टित्, आत्मनेपदानां टेरे इति सूत्रेण टित्सु लकारेषु विशिष्टकार्यं वक्ष्यमानं तत् कार्यमपि अपेक्षितं लोटि। लोट् लोङ् यदि स्यात् तर्हि एतादृशानि कार्याणि लोटि न स्युः। अत्र प्रश्नः अस्ति लोटि लोटो लङ्वत् किमर्थम् अस्ति? पाणिनिमहर्षे तत् लोटो टित् कृतं न तु साक्षात् नित्, लोट्लकार टित् अस्ति न तु नित् अस्ति। अत्र अग्रे अस्ति कुतः लोट् स्थाने नामकरणं लोङ् न स्यात्? महर्षि लोट् दत्तमस्ति न तु लोङ् दत्तमस्ति, तत्र साक्षात् नित् न कृतवान्। अत्र अग्रे उत्तरं दत्तमस्ति यथा उत्तरमस्ति यत् टित्सु लकारेषु यानि कार्याणि भवन्ति तानि अपि अपेक्षितानि भवन्ति लोटि। अत्र यदि वयं तत् लोट् स्थाने लोङ् कृतं तत् किञ्चित् क्लेशः अस्ति। अत्र वयं टित्सु लकारेषु यानि कार्याणि सन्ति तदपि अत्र आवश्यकानि सन्ति। अतः आत्मने पदे टित्, आत्मने पदानां टेरे इति सूत्रेण टित्सु लकारेषु विशिष्टकार्य वक्ष्यमानं तत् कार्यमपि अपेक्षितं लोटि। अत्र लोट् अस्ति चेत् तत् टित् अस्ति, टित् अस्ति चेत् आत्मने पदानां टेरे सूत्रम् आगच्छति, तस्य कार्यमपि अत्र अपेक्षितम् अस्ति। यदि लोट् स्थाने लोङ् कृतवान् तत् कार्यं क्लेशः भवति। अतः लोट् लोङ् यदि स्यात् तर्हि एतादृशानि कार्याणि लोटि न स्युः, तत् अस्ति।
बहु सम्यक्। सुन्दरमहोदय, भवान् किम् अवगतवान्? अत्र पाणिनिना किमर्थं लोङ् इति न उक्तं, लोट् लकारः इति एव उक्तमस्ति, किमर्थं लोङ् इति न उक्तमस्ति?
पूर्णं लोट् लोट् इव भवति, लोट् लङ्वत् भवति, परन्तु पूर्णं लङ् इव कार्यं न करोति इति कारणतः लोङ् इति न उक्तम्। ङित् प्रत्ययस्य सर्वाणि लक्षणानि न भवन्ति तत्र, किञ्चिदेव लक्षणानि भवन्ति इति कारणतः तत्र लोङ् इति न उक्तम्। लोङ् इत्युक्ते ङित् भवति, ङित् भवति चेत् तत्र पूर्णं ङिद्वत् कार्यं करणीयं, तद् न भवतु इति कारणेन लोङ् इति न उक्तं, लोट् एव उक्तं। तदनन्तरं लोट् लङ्वत् इति कथनेन लङ् लङ् इव किञ्चित् कार्याणि करोति परन्तु सर्वाणि कार्याणि न करोति इत्युक्तम्।
उत्तम। नित्सु लकारेषु यानि कार्याणि भवन्ति तेषु कार्येषु केषाञ्चन सूत्राणां कार्याणि अपि लोटि अपेक्षितानि, एवमेव टित् लकारेषु कानिचन कार्याणि भवन्ति तानि कार्याणि अपि लोटि अपेक्षितानि, लोटि आवश्यकानि भवन्ति। टित् लकारेषु कानि कानि कार्याणि भवन्ति इति प्रश्ने सति एकं सूत्रम् आयाति, टित् लकाराणां कृते एव निर्मितमस्ति, तत् आत्मनेपदानां तेरे इति सूत्रमस्ति, आत्मनेपदी प्रत्ययानां प्रसङ्गे इदं सूत्रं कार्यं करोति. वन्द् इति धातुः अस्ति, वन्द् धातुः आत्मनेपदी धातुः, वन्द् धातोः प्रथमपुरुषे एकवचनरूपं वन्दते, वन्दते, वन्देते, वन्दन्ते. वृत् धातोः रूपं वर्तते, वर्तेते, वर्तन्ते. ईदृशानि रूपाणि सन्ति खलु, वर्तते, वर्तन्ते. तत्र तित आत्मनेपदानां तेरे इति सूत्रं कार्यं करोति. लट् लकारप्रसङ्गे लट् लकारः टित् लकारः, अतः आत्मनेपदप्रत्ययानां प्रसङ्गे टित् लकाराणां प्रसङ्गे टित आत्मनेपदानां तेरे इति सूत्रेण तत्र एकारादेशः भवति. अतः एव वन्दते, वन्देते, वन्दन्ते इत्यादीनि रूपाणि साधयितुं शक्नुमः. आत्मनेपदी सिद्धप्रत्ययानां प्रसङ्गे टित आत्मनेपदानां तेरे इति सूत्रेण तित्सु लकारेषु विशिष्टं कार्यं भवति. तादृशं कार्यं लोटि अपि, आत्मनेपदप्रत्ययानां विषये लोटि अपि अपेक्षितमस्ति. अतः पाणिनिना लोट् इति एव उक्तमस्ति, न तु लोङ्ग्. इत्युक्ते लोङ्ग् इति कथनेन तत्र समस्या जायते. लोङ्ग् इति कथनेन टित् लकारेषु यानि यानि कार्याणि प्रसक्तानि तानि आवश्यकानि कार्याणि कर्तुं न शक्नुमः लोङ्ग् इति कथनेन. अतः लोट् इति एव उक्तमस्ति. टित् लकारेषु प्रसक्तानि आवश्यकानि कार्याणि लोट् लकारे अपि करणीयानि. लोङ्ग् इति कथनेन समस्या जायते, अतः लोट् इति उक्तमस्ति. किन्तु नित्सु लकारेषु यानि कार्याणि भवन्ति तानि सर्वाणि कार्याणि लोटि न भवन्ति, कानिचन कार्याणि एव भवन्ति इति स्मर्तव्यः अंशः. तस्मिन् प्रसङ्गे एव अधोभागे केचन बिन्दवः दत्ताः. महोदय, भवान् पठतु अग्रिमपरिच्छेदं.
कानिचन च कार्याणि भवन्ति लङि यानि न अपेक्षितानि लोटि, आहत्य सप्तषु स्थलेषु, सप्तसु स्थलेषु लङि तिङ् आदेशाः सन्ति. नित्यं ङितः, ङितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारः लोपो भवति. तस्थस्थमिपां तान्तं तामः, तस् थस् थ मिप् ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां, तं, त, अम् एते आदेशाः भवन्ति. इतश्च ङित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ्प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति. सिजभ्यस्थ विधिभ्यश्च लङः शाकटायन शाकटायनस्य इव इति सूत्राभ्यां लङि कुत्रचित् झि स्थाने जुस् आदेशः भवति. अत्र नित्यं ङितः.
तस्मात् पूर्वम् एकं वाक्यमस्ति, तस्य अर्थः कः?
कानिचन च कार्याणि भवन्ति लङि यानि अपेक्षितानि लोटि, इत्युक्ते लङि कानिचन कार्याणि भवन्ति लङ् लकारे, ते सर्वे लोटि अपि अपेक्षितानि भवन्ति, लोटि अपि भवन्ति. आहत्य सप्तस्थलेषु लङि तिङ् आदेशाः सन्ति, इत्युक्ते सप्तसु स्थलेषु.
सत्यभामा भगिनी वदतु.
अत्र यानि कार्याणि लङि अपेक्षितानि तानि सर्वं लोटि न अपेक्षितानि इति उक्तमस्ति.
बहु सम्यक्, तद् वक्तव्यम्. यानि कार्याणि लङि उक्तानि तानि सर्वाणि कार्याणि लोटि न अपेक्षितानि इति अर्थः. नित्यं नितः तस्मिन् प्रसङ्गे वदतु.
नित्यं नितः इति सूत्रं ङित् लकारेषु लकारस्य सकारान्तः यद् वर्तते तत्र उत्तमपुरुषप्रत्ययस्य अन्त्यसकारस्य लोपः भवति इति उक्तं. तर्हि ङित् लकारेषु कुत्र उत्तमपुरुषस्य मिप् वस्मस् इति अस्ति.
वस्मस्
अत्र वस्मस् उभयत्र इत्युक्ते उत्तमपुरुष द्विवचनप्रत्ययस्य बहुवचनप्रत्ययस्य एव सकारान्तः आगच्छति तत्र नित्यं यदः इति सूत्रेण अत्र सकारस्य लोपः भवति
अतः एव भवाव भवाम इति रूपाणि भवन्ति हवामः इति रूपं लटिरूपं किन्तु लोटिरूपं भवाव वस् मस् इत्यनयोः स्थलयोः प्रसङ्गे नित्यं नितः इति सूत्रेण अन्ते स्थितस्य सकारस्य लोपः भवति तस्मात् पूर्वं किं लिखितमस्ति लोटो लङ्वति इति उक्तमस्ति इत्युक्ते लोट् लकारः लङ् इव भवतु इति उक्तमस्ति किन्तु लङि येषां येषां सूत्राणां कार्यं भवति तेषां सर्वेषां प्राप्तिः लोटि न भवति इति तत्र सारांशः सारांशम् अवगन्तुमेव एतानि उदाहरणानि दत्तानि नित्यं नितः इति अभवत् अग्रे वदतु
तस्थस्थामिपां तान्तं तामः इति सूत्रम् अनेन सूत्रेण किं भवति इति चेत् तस्थस्थामिप् एतेषु चतुर्षु स्थलेषु ङित्सुलकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं ता आम् आम् एते आदेशाः क्रमशः भवति इति तर्हि एतत् अत्रापि कार्यं करोति वा इति चेत् न यतोहि अत्र आम् अं प्रत्ययः मित् स्थाने अं प्रत्ययः न आगच्छति अत्र मेर्नी कार्यं करोति अन्येषु त्रिषु स्थलेषु कार्यं करोति
बहु सम्यक् इत्युक्ते एतानि कार्याणि नित्सुलकारेषु एव भवन्ति किन्तु लोटो लङ्वति इति सूत्रेण अतिदेशसूत्रेण लोट् लकारः लङ् इव प्रवर्तते इत्यतः तस्थस्थमिपां तान्तं तामः इति सूत्रं न केवलं नित्सुलकारेषु लोट् लकारे अपि कार्यं कर्तुं शक्नोति मिप् प्रत्ययं विहाय मिप् प्रत्ययं त्यक्त्वा अन्येषु त्रिषु स्थलेषु तस्थस्थमिपां तान्तं तामः इति सूत्रं कार्यं करोति लोट्लकारे अपि मिप् प्रत्ययस्य स्थाने अमादेशं विहाय तत्र मेरिणिः इति सूत्रेण नि आदेशः भवति इत्यतः आनि इति प्रत्ययस्य रूपं सिद्ध्यति भवानि इति रूपं सिद्ध्यति अग्रे वदतु
इतश्च इति सूत्रं ङित्लकारस्य स्थाने यः परस्मैपदह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपः भवति यः ह्रस्व इकारान्त तिङ् प्रत्ययः इत्युक्ते अत्र स्तिप् इत्यत्र प्रथमपुरुष एकवचनप्रत्ययः तत्र ह्रस्व इकारान्त अन्तः इति अस्ति तर्हि ति इत्र अन्तः एव
न केवलम् एकवचनप्रत्ययः बहुवचनप्रत्ययः अपि तत्र अन्ते इकारः अस्ति खलु
अन्ति तीतः अन्ति इति अस्ति इत्युक्ते प्रथमपुरुष एकवचनप्रत्ययस्य अपि च बहुवचनप्रत्ययस्य अन्तिमः इकारः वर्तते अस्य तादृश इकारस्य लोपः भवति तर्हि अत्र कीदृशं भवति ता एव तिष्ठति पुनः अत्र एरु इति सूत्रेण
भगिनी अत्र पश्यतु इतश्च इति सूत्रं णित्लकाराणां प्रसङ्गे कार्यं करोति तेन किं कार्यं भवति इत्युक्ते परस्मैपदप्रत्ययानां विषये यत्र यत्र ह्रस्वैकारः मूलप्रत्ययस्य अन्ते ह्रस्वैकारः यत्र अस्ति तस्य इकारस्य लोपः भवति इतश्च इति सूत्रेण इदं सूत्रं णित्लकाराणां प्रसङ्गे कार्यं करोति किन्तु लोटि कार्यं न करोति तत्र इकारः अपेक्षितः किमर्थं चेत् एरुः इति सूत्रस्य कार्यार्थम् अन्ते इकारः अपेक्षितः तत्र इकारः अस्ति चेदेव इकारस्य उकारादेशः भवितुं शक्नोति एरुः इति सूत्रेण इदं सूत्रं लङ्लकारे कार्यं करोति सर्वेषु नित्लकारेषु कार्यं करोति किन्तु लोट्लकारे अस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति किमर्थं चेत् इदं सूत्रं प्रबाध्य एरुः इति सूत्रेण उकारादेशः भवति इत्यतः तत्र अन्तु इति सिद्धप्रत्ययस्य निर्माणं भवति अतः एव लोट्लकारे भवन्तु भवतु भवन्तु इति रूपाणि द्रष्टुं शक्नुमः एरुः इति सूत्रस्य प्राप्त्यर्थं तत्र इकारः अपेक्षितः इत्युक्ते इतश्च इति सूत्रं लोट्लकारे कार्यं न करोति यद्यपि अस्य प्रसक्तिः नित्सलकारेषु अस्ति लोट् लङ् इव भवतु इति उक्तमस्ति लोट् लङ् इव भवतु इति वदनेन अपि वदामः चेदपि लोटो लङ्वत् इति सूत्रेण लोट् लङ् इव प्रवर्तते चेदपि इदं सूत्रं लोटि न कार्यं करोति खलु
तर्हि तत्र एतत् लेखनीयं खलु भगिनि ङित्लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्तः तिङ् प्रत्ययः तस्य अन्त्यकारस्य लोपः भवति किन्तु तत्र न भवति इति अपि योजनीयं खलु
उपरि लिखितं खलु कानिचन कार्याणि लङ्घि भवन्ति यानि लोटि न अपेक्षितानि इदं सूत्रं लोटि न अपेक्षितम्
तर्हि अत्र इकारस्य षष्ट्यन्तं पदम् एषे इति आगच्छति अत्र भवति खलु
एरुः सूत्रस्य कार्यं भवितुम् अन्ते इकारः अपेक्षितः इकारः तत्र आवश्यकः अतः इतस्य सूत्रस्य कार्यं न भवति इतस्य सूत्रं कार्यं भवति चेत् इकारस्य लोपः भवति अन्तिम इकारस्य लोपः भवति अन्तिम इकारस्य लोपः भवति चेत् एरुः इति सूत्रं कार्यं कर्तुं न शक्नोति अतः इतश्च सूत्रं प्रबाध्य एरुः इति सूत्रेण कार्यं भवति लोटि अग्रे वदतु सिजभ्यस्त विधिभ्यश्च
सिजभ्यस्त विधिभ्यश्च लङ् लङः शाकटायनस्यैव इति सूत्राभ्यां लङि कुत्रचित् क्षी स्थाने जुस् आदेशः भवति
सिजभ्यस्त विधिभ्यश्च इति सूत्रं स्वीकृत्य वदतु
सिजभ्यस्त विधिभ्यश्च अनेन सूत्रेण अपि च लङः शाकटायनस्य मिलित्वा एव
आदौ सिजभ्यस्तविधिभ्यश्च सूत्रस्य प्रसङ्गे वदतु द्वयोः सूत्रयोः कार्याणि लङ्गि एव भवन्ति सिजभ्यस्तविधिभ्यश्च लङ्घः शाकडायनस्यैव इति सूत्राभ्यां लङ्गि एव कार्यं भवति आदौ सिजभ्यस्तविधिभ्यश्च सूत्रस्य प्रसङ्गे भवती यद् जानाति तद्वदतु
इत्युक्ते क्षिप्रत्ययस्य द्विजुस् आदेशः भवति इति उक्तं
नीलं भगिनी भवती किं ज्ञातवती अस्मिन् प्रसङ्गे
एतत् सूत्रद्वयं भगिनी न जानामि
नरसिंह हेग्डे महोदय भवान् वदतु अस्मिन् प्रसङ्गे किं ज्ञातव्यं किमर्थं तस्य प्रसक्तिः अत्र अस्ति
अत्र अभ्यस्तकार्यम् इति जानाति
बहु सम्यक् सिजभ्यस्तविधिभ्यश्च इति लिखितं खलु सिच् इति प्रत्ययः अस्ति सिच् इति एकः प्रत्ययः सिजभ्यस्त इति लिखितमस्ति सिच् इत्यत्र चकारः अस्ति खलु तत्र जस्त्वं भूत्वा सिजभ्यस्त इति भवति सिच् इति प्रत्ययः सिच् इति प्रत्ययः लुङ्लकारे आयाति तस्मिन् प्रसङ्गे चिन्ता मास्तु सिच् प्रत्ययः लुङ्लकारस्य प्रसङ्गे आयाति अभ्यस्त इति उक्तमस्ति अभ्यस्तसंज्ञक प्रत्ययपरे इदं कार्यं भवति अभ्यस्तसंज्ञा केषु गणेषु भवति अभ्यस्तसंज्ञा जुहोत्यादिगणे भवति खलु इत्युक्ते यत्र यत्र द्वित्वकार्यं भवति यत्र यत्र द्वित्वकार्यं भवति तत्र अभ्याससंज्ञा भवति अभ्यस्तसंज्ञा भवति अभ्यस्तसंज्ञक अङ्गात् परं नित्सुलकारेषु नित्सुलकारः इति कथनेन लङ्लकारे परस्मैपदी धातूनां प्रसङ्गे प्रथमपुरुष बहुवचन झी प्रत्ययः अस्ति प्रथमपुरुष बहुवचन झी प्रत्ययस्य स्थाने जुस् आदेशः भवति अनेन सूत्रेण इति तत्र विषयः अस्ति इत्युक्ते सिच् इति प्रत्ययः लुङ्लकारे आयाति तस्मिन् प्रसङ्गे इदं सूत्रं कार्यं करोति लुङ्लकारः नित्लकारः अभ्यस्तसंज्ञक अङ्गं येषु येषु गणेषु अस्ति तेषु गणेषु लङ्लकारप्रसङ्गे इदं सूत्रं कार्यं करोति नित्सुलकारेषु इत्युक्ते लङ्लकारे अभ्यस्तसंज्ञक अङ्गात् परं नित्सुलकारेषु प्रथमपुरुष बहुवचन झी प्रत्ययस्य स्थाने जुस् आदेशः अस्य कृते उदाहरणं किं वक्तव्यम् इत्युक्ते दाधातुः दाधातुः जुहोत्यादिगणे अस्ति जुहोत्यादिगणे द्वित्वकार्यं भवति द्वित्वकार्यं भवति चेत् अभ्यस्तसंज्ञा दीयते अभ्यस्तसंज्ञक अङ्गं जुहोत्यादिगणे लभ्यते जुहोत्यादिगणे दाधातोः प्रसङ्गे द्वित्वकार्यस्य अनन्तरम् अभ्यस्तसंज्ञा दीयते लङ्लकारप्रसङ्गे तत्र झी इति प्रत्ययस्य स्थाने प्रथमपुरुष बहुवचन झी प्रत्ययस्य स्थाने जुस् आदेशः भवति इत्यतः दाधातोः लङ्लकार बहुवचनरूपम् अददुः इति भवति जुस् आदेशः भवति इत्यतः एव तत्र अददुः इति रूपं सिद्ध्यति लङ्लकारप्रसङ्गे अडागमः भवति खलु लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अडागमः भवति अतः आ इति रूपम् आदौ श्रूयते तत्र बहुवचनरूपम् अददुः अस्ति जुहोत्यादिगणे अभ्यस्तसंज्ञक अङ्गम् अस्ति इति कारणतः जुहोत्यादिगणीय धातुषु प्रथमपुरुष बहुवचनरूपेषु झि प्रत्ययस्य स्थाने अनेन सूत्रेण सिजभ्यस्तविधिभ्यश्च इति सूत्रेण झि स्थाने जुस् आदेशः भवति अतः अददुः इति रूपं सिध्यति इत्युक्ते लङ्लकारे यानि यानि कार्याणि भवन्ति तानि सर्वाणि कार्याणि लोटि भवन्ति इति अर्थः नास्ति इति अवगन्तुम् इदम् उदाहरणम् अत्र दत्तमस्ति सिजभ्यस्तविधिभ्यश्च सूत्रेण यः जुस् आदेशः झि प्रत्ययस्य स्थाने भवति लङ्लकारे तादृशानि कार्याणि लोटि न भवन्ति इति अत्र अर्थः अस्ति सिच् प्रत्ययः अभ्यस्तसंज्ञक अङ्गम् अपि च विधिभ्यश्च इति लिखितमस्ति इत्युक्ते विद् धातोः प्रसङ्गे अपि अनेन सूत्रेण जुस् आदेशः भवति अतः विदुः इति रूपं सिध्यति विदुः इति रूपसाधनवेलायाम् अनेन सूत्रेण कार्याणि भवन्ति सिजेभ्यस्त विधिभ्यश्च इति तत्सूत्रं लङ्घः शाकटायनस्य इति सूत्रं किं वदति
अत्र सिजभ्यश्च विधिभ्यश्च इति सूत्रे यदि अभ्यस्त अङ्गस्य परे कार्यं किमर्थं सिच् अपि च विद् विशिष्टरूपेण दत्तं
त्रिषु स्थलेषु कार्याणि भवन्ति सिच् प्रत्ययस्य प्रसङ्गे लुङ् लकारे अस्य कार्यम् अस्ति अभ्यस्तसंज्ञक अङ्गं यत्र यत्र भवति तत्रापि अस्य कार्यमस्ति यदा वयं जुहोत्यादिगणीयधातूनां प्रसङ्गे पठिष्यामः तदा पुनः इदं सूत्रम् आयास्यति
इत्युक्ते सिच् अपि च विद् जुहोत्यादिगणे नास्ति अभ्यस्तङ्गं नास्ति चेदपि तत्र कार्यं
सिच् प्रत्ययः तु लुङ् लकारे भवति अभ्यस्तसंज्ञक अङ्गं जुहोत्यादिगणे भवति दलत्रयम् अस्ति अत्र
सिच् इति प्रत्ययः विद् अपि प्रत्ययः धातु नास्ति
विधिभ्यश्च इत्यत्र विद् धातोः रूपम् सिच् इति प्रत्ययः लुङ् लकारे आयाति अभ्यस्तकसंज्ञक अङ्गं यत्र यत्र भवति तत्र नित्सु लकारेषु अनेन सूत्रेण प्रथमपुरुष बहुवचन झि प्रत्ययस्य स्थाने जुस् आदेशः भवति अपि च विद् धातोः प्रसङ्गे अपि अनेन सूत्रेण कार्यं भवति सिद्धप्रत्ययानां प्रसङ्गे जुहोत्यादिगणे तत्र अदभ्यस्तात् इति एकं सूत्रम् आयाति अदन्ताङ्गेषु सिद्धप्रत्ययाः भिन्नाः अनदन्ताङ्गेषु सिद्धप्रत्ययाः भिन्नाः इति ज्ञातमेव जुहोत्यादिगणे अनदन्तमङ्गं सिध्यति अतः तत्र अदभ्यस्तात् इति एकं सूत्रम् आयाति किन्तु अदभ्यस्तात् इति सूत्रं प्रबाध्य सिजभ्यस्तविधिभ्यश्च इति सूत्रेण जुस् आदेशः भवति इत्युक्ते इदं सूत्रं लङि कार्यं करोति किन्तु लोटि अस्य प्रसक्तिः नास्ति इति एकः विषयः लङ्घः शाकटायनस्य इति एकं सूत्रमस्ति लङ्घः इति कथनेन इदं सूत्रं लङ्लकारे एव कार्यं करोति इति अर्थः लङ्लकारविशिष्टं कार्यम् अनेन सूत्रेण भवति इति अर्थः अपि च शाकटायनस्य इति कथनेन शाकटायनः इति एकस्य वैयाकरणस्य नाम अस्ति सूत्रेषु यत्र यत्र वैयाकरणस्य नाम अस्ति तत्र विकल्पेन रूपद्वयं सम्भवति इति अर्थः अस्ति लङ्घः शाकटायनस्य इति सूत्रं लङ्लकारप्रसङ्गे कार्यं करोति आकारान्तधातूनां प्रसङ्गे किमर्थम् आकारान्तधातवः इति वदामि इत्युक्ते सम्पूर्णसूत्रं पठनीयं खलु तत्र काः काः अनुवृत्तयः सन्ति इति अपि ज्ञातव्यं खलु लङ्घः शाकटायनस्य इत्यस्मिन् सूत्रे आकारान्तधातूनां प्रसङ्गे अदादिगणे लङ्लकारप्रसङ्गे विकल्पेन तत्रापि झि प्रत्ययस्य स्थाने जुस् आदेशः भवति इदं सूत्रमपि लङ्लकारे एव कार्यं करोति अनेन सूत्रेण विकल्पेन रूपद्वयं सिध्यति उदाहरणार्थम् अदादिगणे आकारान्तधातुः वा इति धातुः अस्ति वा धातोः लटीरूपं वाति अस्ति किन्तु अदादिगणीयवा धातोः प्रसङ्गे आकारान्तधातुः अजन्तधातुः यदा वयं अदादिगणीय अजन्तधातूनां प्रसङ्गे पठिष्यामः तदा इदं सूत्रं पुनः तत्र आयास्यति लङ्घः शाकटायनस्यैव इति सूत्रमस्ति वा धातोः लङ् रूपम् अवुः इति एकं रूपम् अस्ति अवान् इति अन्यत् रूपम् अस्ति अनेन सूत्रेण एव तत्र रूपद्वयं सिध्यति इदं सूत्रं लङ्लकारे एव कार्यं करोति किन्तु अत्र किमर्थं प्रसक्तम् इति प्रश्ने सति लङ्गि यानि कार्याणि भवन्ति तानि सर्वाणि लोटि भवन्तु इति नियमः नास्ति इति सिद्धान्तः नास्ति इति अवगन्तुमेव लोटो लङ्वति इति उक्तमस्ति तथापि सर्वाणि लङ्गिकार्याणि लोटि न भवितुं शक्नुवन्ति इति अवगन्तुम् इदं सूत्रं दत्तमस्ति अन्ततो गत्वा इतश्च सूत्रस्य कार्यं लोटि न भवति लङ्घः शाकटायनस्यैव सिजभ्यस्तविधिभ्यश्च तेषां सूत्राणां प्रसक्तिः अस्ति, तथापि तेषां कार्यं लोटि न भवति. अन्ततो गत्वा इष्टरूपसिद्ध्यर्थम्, इष्टरूपस्य प्राप्त्यर्थं पाणिनिः सूत्राणि रचितवान्. लोके रूपाणि सन्ति, किन्तु तेषां रूपसिद्धिः कथं भवितुं शक्नोति इति सः चिन्तयित्वा इमानि सूत्राणि रचितवान्. यद्यपि लोटो लङ्वत् इति उक्तमस्ति, तथापि लङ् विशिष्टकार्याणि कानिचन कार्याणि एव लोटि प्रवर्तन्ते.
सिजभ्यश्च इति सूत्रं तत्र नित्लकारेषु एतस्य कार्यं, सो तत्र विधियोगलिङ्ग् कुर्मः चेत् तत्र जि स्थाने जुस् आदेशः भवति. सो विधिलिङ्ग्लकारे विदुः इति रूपम् अस्ति,
विदुः इति रूपम् अस्ति. विद् इति धातुः अस्ति, विद् धातोः प्रसङ्गे नित्सु लकारेषु कार्यं भवति, सिच् प्रत्ययस्य प्रसङ्गे कार्यं भवति, अभ्यस्तसंज्ञक अङ्गमस्ति चेत् कार्यं भवति, इत्युक्ते दलत्रयस्य प्रसङ्गे तत् सूत्रं कार्यं करोति.
सो अत्र नित् लकारस्य कार्यं, परन्तु द्वितीयसूत्रं तु केवलं लङ् लकारे इति प्रवर्तते.
उत्तमं. लङ्गः शाकटायनस्यैव इति लिखितमस्ति. लङ्गः इति कथनेन इदं सूत्रं लङ् लकारे एव कार्यं करोति. शाकटायनः इति वैयाकरणस्य नाम अस्ति. वीणा भगिनी अग्रे पठतु.
येषु सप्तषु स्थलेषु लोटः प्रसङ्गः भवति, चतुर्षु स्थलेषु नित्यं नितः इत्यनेन स लोपः वसि मसि च, तस्तस्थं थां मिपां तान्तं तामः इत्यनेन तसः ताम् थसः तं थ स्थाने त च, मिपः अं बाधितं भवति मेर्नि मेर्निः इत्यनेन, इतश्च बाधितं भवति एरुः इत्यनेन, सिजभ्यस्तविधिभ्यश्च लङ्घः शाकटायनस्यैव इत्यनयोः जुस् आदेशः कथं न भवति लोटि इत्यस्मिन् विषये महती चर्चा. केचन वदन्ति यत् विदो लटो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्. अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति प्रत्ययः न नित्यः, वतिपदघटितम् अनित्यम् इति प्रसिद्धवाक्यम्. अत्र न नित्यः इत्यस्य सारांशः एवं यत् लोटि लङ्घः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम् अधिकृत्य यत्र फलं नापेक्षते तत्र प्रसक्तिः न भवति. अतः सिजभ्यस्थविधिभ्यश्च लङ्घः शाकटायनस्यैव इति सूत्राभ्यां कार्यं भवति लङ्घि, किन्तु लोटि न अपेक्षते, अतः लङ्वत् इति तत्र न गच्छति. आं भगिनी, भवती किम् उक्तवती तदैव अस्ति. अत्र कुत्र कुत्र अपेक्षा अस्ति लोट् लकारस्य, तत्र एव तत् कार्यं करोति, आरोपितं भवति. एतत् लोटो लङ्वत् इति सूत्रस्य आरोपणं भवति, नो चेत् तस्य कार्यं न अपेक्षितं. कुत्र कुत्र अपेक्षितः तत्र एव एतत् सूत्रं कार्यं करोति इति अत्र दत्तम् अस्ति भगिनि, तदैव भवती उक्तवती न.
प्रत्येकं वाक्यं स्वीकृत्य वदतु. नित्यं नितः,
नित्यं नितः उत्तम पुरुषस्य स्थाने अत्र सर्वत्र सकारान्तस्य उत्तमपुरुषे सकारस्य प्रत्ययस्य सकारः लोपो भवति एतेन सूत्रेण भगिनि, नित्यं नितः इति सूत्रेण स लोपः भवति वसि मसि प्रत्यये परे, पठाव पठाम इति भवति. तदनन्तरं तस्तस्थमीपां तान्तं तामः इत्यनेन तसः ताम थसः तं थ स्थाने त अल्पप्राण त आदेशः भवति एतेन सूत्रेण, किन्तु मिपः स्थाने तत्र अन्यत् एकं सूत्रम् आगत्य कार्यं करोति मेर्निः इति सूत्रम् आगत्य, अतः पठानि इति भवति. ततः इतश्च बाधितं भवति एरुः, इतश्च इ लोपः भवति केन सूत्रेण इत्युक्ते एरुः इति सूत्रेण तत्र कार्यं भवति, चस्त एतस्य अपवादं भवति एरुः. तदनन्तरं सिजभ्यस्तविधिभ्यश्च लङ्घः शाकटायनस्यैव इति सूत्रेण तत्र लङ्लकारे प्रथमपुरुषे बहुवचने जुस् आदेशः कुत्र भवति तस्य लोट् लकारे तस्य अपेक्षा नास्ति अतः तत्र कार्यं लोट् लकारे एतस्य कार्यं न भवति केवलं लङ् लकारे एतस्य कार्यं भवति सूत्रम् अस्ति सिजभ्यश्च विधिभ्यश्च एषः शाकटायनः एकः वैयाकरणः अस्ति तस्य वार्तिकं तस्य किं वदामः भगिनि
सूत्रम् लङ्घः शाकटायनस्यैव इति सूत्रम्
ओ अस्तु अस्तु सूत्रस्य प्रसक्तिः तत्र भवति किन्तु लोट् लकारे न भवति कुत्र कुत्र प्रयोजनम् अस्ति तत्र एव लोटो लङ्वत् इति कार्यं भवति इति तस्य अर्थः भगिनि
तावत्पर्यन्तम् अवगन्तुं प्रयत्नं कुर्मः बहु सम्यक् भगिनि कुत्र कुत्र तस्य अपेक्षा अस्ति यत्र यत्र आवश्यकम् अस्ति तत्रैव लोट् लकारः लङ् इव प्रवर्तते साधु भगिनि अस्मिन् प्रसङ्गे सुन्दरमहोदय भवान् किम् अवगतवान् वदतु एतावत्पर्यन्तम् अन्तिमपरिच्छेदस्य विषये भवतः अवगमनं किम् नो चेत् रोहिणी भगिनी अन्तिमपरिच्छेदे किं लिखितमस्ति रोहिणी भगिनी वदतु
अन्तिमपरिच्छेदे विधिभ्यश्च लङ्घः शाकरानस्यैव इत्यनयोः जुस् आदेशः कथं न भवति लोटि इति उक्तम्
लोटो लङ्वत् इति सूत्रं कुत्र प्रवर्तते कुत्र न प्रवर्तते इति अस्मिन् परिच्छेदे लिखितमस्ति वदतु
नित्यङ्गतः इति सूत्रं सर्वत्र न लोट् लङ्वत् न भवति नित्यङ्गतः इति सूत्रं सूत्रस्य कार्ये तत् सूत्रं लोट लङ्वत् न प्रवर्तते तदा एव तस्तमिपां तां तामः इति सूत्रे अपि मिप् इति स्थाने न आदेशः भवति लोट लङ्वत् इति सूत्रम् अत्र न कार्यं न करोति इतश्च इति सूत्रस्य अपि कार्ये अपि लोट लङ्वत् इति कार्यं न प्रवर्तते सिजभ्यस्त अभिधिभिश्च इति सूत्रं तदा लङ्घः चागरस्य एव इति सूत्राभ्यां लुङि कुत्रचित् जि आदेश जि स्थाने जुस् आदेशः तदा अपि लोट लङ्वत् इति सूत्रस्य कार्यं न करोति लोट लकारस्य न कार्यं करोति
उत्तमं नित्यं नितः इति सूत्रं नित्सु लकारेषु एव कार्यं करोति लङ्लकारे कार्यं करोति किन्तु लोटो लङ्वत् इति अतिदेशसूत्रेण नित्यं नितः इति सूत्रस्य कार्यं लोटि अपि भवति लोटि अपि सकारस्य लोपः वस् मस् इत्यत्र सकारस्य लोपः नित्यं नितः इति सूत्रेण भवति तत् कार्यं भवति लोटि अपि भवति लङ्गि अपि भवति तस्थस्थमिपां तान्तन्तामः इति सूत्रमपि लङ्लकारे कार्यं भवति किन्तु मिप् स्थाने किमर्थं चेत् मेर्निः इति अपवादसूत्रमस्ति इति कारणतः तस्थस्थमिपां तान्तन्तामः इति सूत्रं बाधित्वा मेर्निः सूत्रेण कार्यं भवति लोट् लकारे अतः आनि इति प्रत्ययस्य निर्माणं भवति नित्यं नितः कार्यमस्ति तस्थस्थमिपां तान्तन्तामः कार्यमस्ति किन्तु इतश्च सूत्रस्य कार्यं बाधितं भवति एरुः इत्यनेन इतश्च इति सूत्रं लङ्लकारे कार्यं करोति अतः एव अभवत् अभवन् इत्यादीनि रूपाणि द्रष्टुं शक्नुमः लङ् लकारे लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अट् आगमः भवति अतः आ इति रूपम् आदौ श्रूयते अभवत् अभवत् इत्यत्र एकवचनरूपं लङ् लकार एकवचनरूपम् अभवत् बहुवचनरूपम् अभवन् अभवन् इत्यत्र अन्ति इति प्रत्ययस्य अन्ते स्थितस्य इकारस्य लोपः भवति इत्यतः अपि च संयोगान्तस्य लोपः इति अन्यत् सूत्रमपि अस्ति अन्ततो गत्वा अभवन् इति रूपं साधयितुं तत्र इतस्य सूत्रेण कार्यं भवति किन्तु तत् सूत्रं लोट् लकारे बाधितं भवति एरुः इति सूत्रेण तत्र इकारः अपेक्षितः इत्यतः इकारस्य स्थाने उकारादेशः भवितुम् इकारः अपेक्षितः इतस्य सूत्रं लोटि कार्यं न करोति किमर्थं चेत् इतश्च सूत्रम् एरुः इति सूत्रेण बाधितं खलु भवती वदतु
इदश्च इति सूत्रेण अन्तिम इकारस्य लोपः भवति परन्तु लोटि इतश्च इति सूत्रं न कार्यं करोति एरुः इति सूत्रेण दत्तं सूत्रं बाधितं भवति.
अपि च लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अडागमः भवति लङ् लकारे. तादृशं कार्यं लोटि न भवति. लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रस्य कार्यं लोटि नास्ति. यद्यपि लोटो लङ्वत् इति उक्तमस्ति तथापि लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रस्य कार्यं लोटि न भवति. लोटि अडागमः नास्ति खलु. अपि च सृजभ्यस्तविधिभ्यश्च लङ्गः शाकटायनस्यैव अनयोः सूत्रयोः कार्यं नित्सुलकारेषु. इत्युक्ते लङ्गः शाकटायनस्यैव इति सूत्रं लङ्लकारे कार्यं करोति. सृजभ्यस्तविधिभ्यश्च इति सूत्रं नित्सुलकारेषु कार्यं करोति. तथापि तत् कार्यं लोटी न भवति. तस्मिन् विषये महती चर्चा अस्ति. किमर्थं? यद्यपि लोट् लङ् इव भवतु, लोट् लकारः लङ् इव प्रवर्तते इति उक्तं चेदपि एताभ्यां सूत्राभ्यां यानि यानि कार्याणि भवन्ति तानि कार्याणि लोटी न भवन्ति. किमर्थं? तत्र तर्कः कः अस्ति? केन तर्केण तत्र उत्तरं दीयते किमर्थं न भवति इति अवगन्तुम् अत्र तर्कः उक्तः. भवती पठतु.
केचन वदन्ति यत् विदो लोटो लटो वा विदो लटो वा तृतीयादे चतुर्थपादे त्रिसप्ततितमं सूत्रम् इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्. अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति प्रत्ययः न नित्यः. वतिपदघटितम् अनित्यम् इति प्रसिद्धवाक्यम्. अत्र न नित्यः इत्यस्य सारांशः एवं यत् लोटि लङ्घः स्वभावः अध्यारोप्यते किन्तु लक्ष्यम् अधिकृत्य. यत्र बलं न अपेक्षते तत्र प्रसक्तिः न भवति. लोटो लङ्वत् प्रवर्तते यत्र बलम् अपेक्षते. यत्र बलं न अपेक्षते तत्र प्रसक्तिः नास्ति लोटो लङ्वत् इति सूत्रस्य.
महती चर्चा अस्ति अस्मिन् विषये. केचन वैयाकरणाः वदन्ति यत् विदो लोटो वा, तस्मिन् प्रसङ्गे वदतु प्रथमतर्कः कः, द्वितीयतर्कः कः. अत्र तर्कद्वयेन लोट् लकारः लङ्वत् न प्रवर्तते. सिजभ्यस्तविधिभ्यश्च लङ्घः शाकटायनस्यैव इत्याभ्यां सूत्राभ्यां यादृशं कार्यं भवति तत् कार्यं लोटी न भवति. किमर्थम् इति अवगन्तुं तर्कद्वयम् उक्तमस्ति. वदतु.
धातूनां कृते केचन वदन्ति यत् विदो लोटो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्.
लोटि अप्रसक्तेः अनुमतिः स्यात् तावत्पर्यन्तं वक्तव्यम्. नरसिंहहेग्डे महोदय भवान् वदतु, तावत् वदतु, विदो लोटो वा इति सूत्रस्य प्रसक्तिः किमर्थम् अत्र अस्ति?
बहु वर्षे अस्ति महोदय, किमपि न श्रूयते.
अस्तु, सत्यभामा भगिनी भवती वदतु.
भगिनी सूत्रं न जानामि भगिनी. यत् सूत्रं
विदो लटो वा इति लिखितमस्ति
अत्र भगिनि, लटो वा इति सूत्रस्य विषये किमर्थं दत्तम् अत्र? वा इति पदम्, वा इति पदम् अस्ति चेत् एतत् सूत्रं लोटो लङ्वत् इति सूत्रस्य पूर्वसूत्रं. लोटो लङ्वत् कुत्र अस्ति? 85 3485. विदो लोटो वा इति
विदो लटो वा
लटः लटो वा एतत् पूर्वसूत्रं. सामान्यतया वयं किं कुर्मः, तत्र अनुवृत्तिः स्वीकुर्मः. केचन वैयाकरणः वदन्ति अत्र वा इति अस्मिन् लोटो लङ्वत् इति सूत्रे वा इति पदस्य अनुवृत्तिः स्वीकरणीयं. तेन किं भवति, तत्र विकल्पः. सो यः लङ्वत् यः लङ् लक्षणम् अस्ति सः यदा तस्य यदा तस्य अपेक्षितम् अस्ति तदा एव स्वीकरणीयं. सर्वदा तत्र नित्येन कार्यं न करणीयम्. अतः एतत्तु एकं मतम् अस्ति.
केवलं तस्मिन् प्रसङ्गे एकवारं चिन्तनं कुर्मः. विदो लटो वा इति उक्तमस्ति खलु. विदः तत्र विसर्गसन्धिकार्यमस्ति, लटः इति विसर्गसन्धिकार्यमस्ति. विदः लटः वा इति अस्ति. विदः इति कथनेन विद् धातोः प्रसङ्गे अस्य सूत्रस्य प्रसक्तिः प्राप्तिः अस्ति. विद् धातुः, विद् धातुः बहुषु गणेषु अस्ति. अदादिगणीयविद् धातुः प्रसङ्गे एव अस्य कार्यं भवति. विद् धातोः लट्लकारप्रसङ्गे विकल्पेन रूपद्वयं सिध्यति इति अर्थः. यत्र यत्र सूत्रेषु वा इति लिखितमस्ति तत्र विकल्पेन रूपद्वयं सम्भवति. विद् धातोः लट्लकाररूपेषु रूपद्वयं दृश्यते. विद् धातोः प्रथमपुरुषे एकवचनरूपं वेद अस्ति, वेत्ति अपि अस्ति. विद् धातोः रूपं वेत्ति, शिशुर्वेत्ति, पशुर्वेत्ति, वेत्ति गानरसं फणिः. वेत्ति इत्युक्ते जानाति. विद् धातुः ज्ञाने इत्यस्मिन् अर्थे अदादिगणे अस्ति. विद् धातुः अदादिगणीयविद् धातुः ज्ञाने इत्यस्मिन् अर्थे अस्ति. तस्य धातोः प्रसङ्गे विदो लटो वा इति सूत्रेण विकल्पेन रूपद्वयं सिद्ध्यति. अतः एव वेद वेत्ति इति रूपद्वयमस्ति. इदं सूत्रं पूर्वसूत्रमस्ति. पूर्वसूत्रात् अनुवृत्तिरूपेण वा इति पदम् आयाति. कश्चित् भ्रमः अस्ति मम कृते अपि.
इत्युक्ते अस्य वा इति पदस्य अनुवृत्तिः लोटो लङ्वत् इति सूत्रे अपि भवितुं शक्नोति भगिनि. उत्तरपद उत्तरसूत्रम् अस्ति. यदि वयं वा इति अनुवृत्तिः लोटो लङ्वत् इति सूत्रे स्वीकुर्मः चेत् लोटः सर्वदा तत्र लङ्वत् न प्रवर्तते.
वा इत्युक्ते विकल्पेन प्रवर्तते इति वक्तुं शक्यते. केषुचित् स्थलेषु लङ् इव प्रवर्तते, केषुचित् स्थलेषु लङ् इव न प्रवर्तते. अत्र वा इति पदम् अनुवृत्तिरूपेण विदो लोटो वा इति सूत्रात् लोटो लङ्वत् इत्यस्मिन् सूत्रे अनुवृत्तिरूपेण आयाति चेत् लोटो लङ्वत् सूत्रस्य कार्यं विकल्पेन भवति इति चिन्तयितुं शक्नुमः.
अपि च अहं चिन्तयामि अत्र यः वति इति तदेव तत्र लाजिकल् अस्ति.
भवती एव पठतु. द्वितीयतर्कः कः?
अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति प्रत्ययः न नित्यः. वति पदघटितम् अनित्यम् इति प्रसिद्धवाक्यम्. अत्र न नित्यः इत्यस्य सारांशः एव यत् लोटि लङ् स्वभावः अध्यारोपिते किन्तु लक्ष्यम् अधिकृत्य यत्र फलं न अपेक्षते तत्र प्रसक्तिः न भवति. अतः सिजव्यश्च विधिव्यश्च लङ्गः शाकटायनस्य एव इति सूत्राभ्यां कार्यं भवति लङ्गि किन्तु लोटि न अपेक्षते. अतः लङ्वत् इति तत्र न गच्छति इति एव तत्र इत्युक्ते तत्र लोटो लङ्वत् इति वत् इति तत्र दत्तं. लङ्वत् भवति चेत् तत्र वत् इति वति इति प्रत्ययः अस्ति. अतः तत्र चिन्तनमस्ति वति पदघटितम् अनित्यम्. सो यस्मिन् पदे वति इति प्रत्ययः अस्ति तत् अनित्यकार्यम् इति तत्र नित्यकार्यं नास्ति. अतः तत्र न नित्यः इत्यस्य किम् अर्थः? तत्र लोटि यः लङ्स्वभावः सः सर्वदा तत्र लङ् इति यः कार्यं भवति तत् सर्वदा भवेत् इति तु नास्ति. सो यदा अपेक्षते तदा यत्र तत्र तदा एव करणीयम्, अन्यथा न करणीयम् इति लिखितं. प्रसक्तिः न भवति यत्र फलं न अपेक्षितं तत्र प्रसक्तिः न भवति.
बहु सम्यक्. सत्यभामा भगिनी, वति प्रत्यये घटितत्वात् वति प्रत्यये घटितम् अनित्यं तस्मिन् प्रसङ्गे वदतु.
पूर्वम् उक्तमासीत् उपलक्षणम् इति, तद्वत् इदानीमपि तत् इत्युक्ते वति वति पदघटितम् अनित्यम् इति प्रसिद्धवाक्यम् इति अस्ति. तर्हि वति इति यद् घटितमस्ति तद् नित्यम् इति न स्वीकरणीयम् इति तत्र विकल्पः उक्तः अस्ति. न नित्यः इत्यस्ति
न नित्यः अनित्यः
अत्र नै तत् अत्र यत्र फलम् इच्छति तत्र अत्र किं भवति नित्यं. यत्र फलस्य अपेक्षा न इच्छति चेत् तत्र अस्य प्रसक्तिः अपि न अपेक्षितम्.
बहु सम्यक्. लोटो लङ्वत् इत्यत्र लोटः लङ्वत् इति लिखितमस्ति. लङ्वत् इति कथने लङ् इव प्रवर्तते इति वक्तुं तत्र वति इति प्रत्ययः अस्ति. वतुपिति एकः प्रत्ययः अस्ति, मतुपिति प्रत्ययः अस्ति, वति प्रत्ययः अन्यः अस्ति. इत्युक्ते एते प्रत्ययाः यद्यपि तथितप्रत्ययाः तथापि एतेषां प्रत्ययानाम् अर्थः तु भिन्नः. वति इति भिन्नप्रत्ययः, मतुपिति भिन्नप्रत्ययः, वतुपिति प्रत्ययः अपि अस्ति. एतेषाम् अर्थः भिन्नः. लङ्वत् इत्यस्मिन् पदे वति इति प्रत्ययः अस्ति. वति इत्यत्र ईकारः उच्चारणार्थः अन्ततो गत्वा वत् इति एव अवशिष्यते. लङ् इति प्रातिपदिकम् अस्ति. प्रातिपदिकात् विधीयमानः प्रत्ययः तद्धितप्रत्ययाः प्रातिपदिकात् विधीयन्ते. लङ् इति प्रातिपदिकम् अस्ति. वति इति प्रत्ययः अस्ति. वति इत्यस्मिन् इकारः उच्चारणार्थः लङ्वत् इति रूपं सिद्ध्यति. इदं रूपम् अव्ययम्. अनेन प्रत्ययेन अव्ययपदनिर्माणं भवति. लङ्वत् इति पदं वतिप्रत्ययपदघटितं वतिपदघटितं. वति इति प्रत्ययः अनित्यः. अनित्यम् इति कथनेन सर्वदा तस्य कार्यं न भवति, सर्वत्र न भवति, केषुचित् स्थलेषु भवति, केषुचित् स्थलेषु न भवति इति अर्थः. तेन तुल्यं क्रियाचेद्वति इति सूत्रेण वति इति प्रत्ययस्य विधानं भवति. तेन तुल्यं क्रियाचेद्वति. यथा मया पूर्वम् उक्तं, देवदत्तः ब्राह्मणवत् अधीते, आञ्जनेयः पवनवत् डयते, लक्ष्मणः रामवत् आचरति, द्रोणः क्षत्रियवत् युध्यते, देवदत्तः राजवत् शास्ते. इत्युक्ते देवदत्तः वस्तुतः क्षत्रियः नास्ति, किन्तु राजवत् शास्ते इति कथनेन यथा राजा शासनं करोति तथा एव देवदत्तः अपि शासनं करोति इति अर्थः. देवदत्तः ब्राह्मणवत् अधीते इति कथनेन देवदत्तः ब्राह्मणः नास्ति, किन्तु देवदत्तः ब्राह्मणवत् अध्ययनं करोति इति अर्थः अस्ति. इत्युक्ते सः सर्वदा तथा कार्यं करोति वा इत्युक्ते सर्वदा न करोति, कदाचित् करोति. अतः अयं प्रत्ययः नित्यः नास्ति. सः सर्वदा तथा न करोति, कदाचित् करोति, कदाचित् न करोति. अतः एषः प्रत्ययः अनित्यः अस्ति. लङ्वत् इत्यस्मिन् पदे वतिप्रत्यये घटितं पदं प्रयुक्तमस्ति. वतिप्रत्यये घटितत्वात् तत् कार्यम् अनित्यम् इति अर्थः अत्र स्वीकर्तव्यः. इत्युक्ते लोटो लङ्वत् कार्यं सर्वत्र न भवति. लोट्लकारे यत्र यत्र आवश्यकमस्ति तत्र एव लोट् लङ्वत् भूत्वा कार्यं करोति. फलमनुसृत्य यत्र यत्र फलमपेक्षितमस्ति तत्र एव लोट्लकारः लङ्वत् प्रवर्तते. इत्युक्ते अन्ततो गत्वा इष्टरूपसिद्ध्यर्थं यत्र यत्र फलम् आवश्यकमस्ति तत्र तत्र एव लोट्लकारे लङ्वत् कार्याणि भवन्ति. कुत्र आवश्यकमस्ति, कुत्र अनावश्यकमस्ति इति सारांशः वक्तव्यः. अत्र सारांशत्वेन वक्तव्यं चेत् नित्यं नितः इति सूत्रस्य प्राप्तिः लङि अपि भवति, लोटि अपि भवति. तत्र आवश्यकमस्ति, फलम् अपेक्षितमस्ति. इतश्च इति सूत्रम् एरुः सूत्रेण बाधितमस्ति इत्यतः तस्य प्राप्तिः न भवति. सिजभ्यस्तविधिभ्यश्च लङ्गः शाकटायनस्य द्वयोः प्राप्तिः लङ्गी एव अस्ति, लोटि नास्ति. इत्युक्ते तत्र फलं न अपेक्षितं. लोटि तादृशानि रूपाणि न सन्ति लोके. लोट्लकाररूपाणि लोके यादृशानि सन्ति तानि रूपाणि मनसि निधाय इमानि सूत्राणि रचितवान् इति अत्र सारांशः.
किमर्थम् अट् अपि च आड् आगमस्य विषये न दत्तं, तत् अङ्गकार्यं वा इति?
हा, लुङ् लङ् लृङ्क्षु अडागमः, वदतु.
अहं चिन्तयामि तत् अङ्गकार्यम् अस्ति, न तु प्रत्यादेशः. अतः तत्र लोटो लङ्वत् इत्यनेन लोट् प्रत्ययः लङ् प्रत्ययः इव तत्र प्रवर्तते. अतः तत्र ये अङ्गकार्याणि ये लङ् विषये तेषां विषये तु एतत् सूत्रं कार्यं न करोति. लोटो लङ्वत् केवलं प्रत्ययानां विषये, न तु अङ्गकार्यस्य विषये.
उत्तमम्. अङ्गकार्यं भिन्नं, प्रत्ययादेशः भिन्नः. इदानीं वयं प्रत्ययादेशानां प्रसङ्गे पठन्तः स्मः, अतः सः विषयः अत्र न उक्तः. लङ्गि लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्राणि कार्यं भवति, किन्तु लोटि तस्य कार्यं नास्ति. अत्र स्थगयाम. इतोपि किं ज्ञातव्यम् अत्र? सत्यभामा भगिनी भवती वदतु.
भगिनी, इदानीं अत्र वा इति पदमस्ति खलु, तद् अस्मिन् सूत्रे दातुं न शक्यते वा इति एतादृशक्लेशः अस्ति चेत्? यतोहि तत् सर्वदा न कार्यं करोति इति उक्तं खलु.
नीलं भगिनी उक्तवती, बहु सम्यक् उक्तवती. वा इति पदं विदो लटो वा इति पूर्वसूत्रात् लोटो लङ्वत् इत्यस्मिन् सूत्रे अनुवृत्तिरूपेण स्वीकुर्मः चेत् समीचीनतया तर्कः भवति इति एकः सिद्धान्तः वदतु
इत्युक्ते भगिनी तत्र पूर्वसूत्रे तत्र वा इति पदम् अस्ति सो सामान्यरूपेण तस्य अनुवृत्तिः अस्मिन् सूत्रे भवति लोटो लङ्वत् इति सूत्रे सो यदि वयं वा इति बिकास् काशिकाकारः वदति तत्र वा इति पदस्य अनुवृत्तिः अस्ति तेन किं भवति कार्यं विकल्पेन भवति इत्युक्ते तत्र आप्शन् अस्ति किं कार्यं करणीयं किं न करणीयं सो यत् अपेक्षितं तदेव करणीयं यत् न अपेक्षितं तत् न करणीयं वा इति पदेन तत्
लोटो लङ्वत् इति सूत्रे वा इति पदम् अनुवृत्तिरूपेण आयाति चेत् लोटो लङ्वत् सूत्रस्य कार्यं विकल्पेन भवति इति चिन्तयितुं शक्नुमः खलु
तत्र नित्यं नितः इति यः सूत्रमस्ति सः नित्यकार्यं सो नित्लकारेषु तत् कार्यं नित्येन भवति अतः लोटि अपि भवति अपि च तस्थस्थमिपां तां तं तामः इति सूत्रं तत्र प्रत्यादेशः अतः तत्र यदि औत्सर्गिकसूत्रं यदि अपवादः नास्ति चेत् कार्यं भवति लोटि अपि परन्तु तत्र मिप् इत्यस्य अपवादः अस्ति मेहेर्नि अतः तत्र मिप् इति आदेश अम् न भवति नि इति भवति
इत्युक्ते यत्र कार्यं भवति अत्र निश्चयेन भवति अत्र विकल्पः इति नास्ति खलु इदानीं तं तं तामः इत्यत्र कार्यं भवति एव
लोटो लङ्वत् इति सूत्रस्य कार्यं विकल्पेन भवति इति वक्तुमिच्छामश्चेत् वा इति पदं पूर्वसूत्रात् लोटो लङ्वत् सूत्रे अनुवृत्तिरूपेण आयाति इति वदामश्चेत् तत्र तर्कः सम्यक् भवति
आम् तदेव मम प्रश्नः आसीत् तादृशं स्वीकर्तुं शक्यते खलु
इति केचन वैयाकरणाः वदन्ति विदो लटो वा सूत्रात् वा इति पदम् अनुवृत्तिरूपेण लोटो लङ्वत् इत्यस्मिन् सूत्रे स्वीकुर्मः चेत् लोटो लङ्वत् सूत्रस्य कार्यं विकल्पेन भवति इत्युक्ते कुत्रचित् भवति कुत्रचित् न भवति इति वक्तुं शक्यते तादृशतर्कः अपि साधु एव नो चेत् वति इति प्रत्ययस्य योजनेन वतिपदघटितं पदं लङ्वत् इति तादृशतर्कं स्वीकुर्मः चेत् अपि अत्र साधुचिन्तनं भवति इति अन्ये वैयाकरणाः वदन्ति इति उक्तम्
अपि च भगिनी पूर्वे वयम् एकम् अतिदेशसूत्रं पठितं सार्वधातुकम् अपित् सो तत्र केवलं नित् तत्र वत् नास्ति सो सर्वदा कार्यं भवति सो सर्वदा सार्वधातुकम् अपित् नित् इव प्रवर्तते सो तत्र सार्वधातुकम् अपित् नित् सो तत्र वत् वत् इति नास्ति अतः तत्र कार्यं नित्येन तत्र सर्वदा तत्र गुणकार्यस्य तत्र किं बाधा भवति तत्र गुणकार्यस्य कृते परन्तु अत्र तु साक्षात् सूत्रे वत् इति पदम् अस्ति अतः तेनापि वयम् अवगन्तुं शक्यते तत्र यत्र अपेक्षितं कार्यं तत्रैव करणीयम् अन्यथा न करणीयम्
उत्तमं
भगिनि एकः प्रश्नः इदानीं लोट् लिङ् अनयोः मध्ये यद् लिङि यत् कार्यं वर्तते तत्र एव एषः विकल्पः उक्तः खलु लिङि यत् कार्यं वर्तते
एतत् सर्वं लोटो लङ्वत् प्रसङ्गे उक्तमस्ति
अवगतं तत्रैव अहं किञ्चित् कन्फ्यूशन् कृतवती
लोटो लङ्वत् कार्यं विकल्पेन भवति केषुचित् स्थलेषु लोट् लङ् इव प्रवर्तते केषुचित् स्थलेषु न प्रवर्तते वा इति पदं पूर्वसूत्रात् आगतं चेत् तत्र तर्कः समीचीनः भवति
तदपि वक्तुं शक्यते भगिनि तादृश अपि इत्युक्ते तत्र टित्वम् आवश्यकं नित्येन तत्र भवति नित्वं तु तत्र विकल्पेन तत्र
लोटो लङ्वत् इति सूत्रेण सर्वदा सर्वत्र लोट् लङ्वत् प्रवर्तते इति सिद्धान्तं स्वीकुर्मः चेत् अनिष्टरूपापत्तिः भवति इत्युक्ते कुत्रचित् लोटि लङ् कार्याणि मा भवन्तु लोटि लङ्कार्याणि सर्वत्र भवन्ति चेत् तत्र अनिष्टरूपापत्तिः भवति तादृशी समस्या जायते अतः लोटो लङ्वत् इति सूत्रस्य कार्यं विकल्पेन भवति इति उक्तवन्तः वैयाकरणाः नरसिंह हेग्डे महोदय भवान् वदतु सारांशं वदतु
तदेव लोटो लङ्वत् इति कथनेन तत्र सर्वाणि कार्याणि न भवन्ति लङ् लकारस्य परन्तु कानिचन कार्याणि एव भवन्ति इति फलितार्थः तस्य कृते एव तत्र दत्तानि सन्ति तत्र श्रीजभ्यश्च वेदिभ्यश्च लङ्गाशाकटाने स्व इति उदाहरणं इत्यादीनि उदाहरणं दत्तानि परन्तु अन्ते अन्ततः गत्वा तत्र व्याख्यानं दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः कुत्र लङ् लकारस्य कारं लोट् लकारः भवति. यतो हि लोटो लङ्वति सूत्रमस्ति, परन्तु तत्र व्याख्यानं दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः तस्य प्रसक्तिः कुत्र भवति कुत्र न भवति इति अहं चिन्तयामि महोदय.
उत्तमं, व्याख्यानमेव शरण्यम्, व्याख्यानमेव परमागतिः गतिः.
भगिनि अत्र वतिपदव्यजितम् अनित्यम् इति वार्तिकं नास्ति खलु, केवलम् एकं प्रसिद्धवाक्यम् इति एव.
प्रसिद्धवाक्यं वार्तिकं नास्ति.
अनेन अनेन वा अथवा विदो लोटो वा इति सूत्रात् वा इति पदस्य अनुवृत्ति एतद्द्वयमेव.
चिन्तनद्वयं, विदो लोटो वा इति सूत्रम् उपयुज्यापि तत्र समर्थनं कर्तुं शक्नुमः. किमर्थं लोटो लङ्वति इति सूत्रस्य कार्यं कुत्रचित् भवति कुत्रचित् न भवति इति विदो लोटो वा इति सूत्रम् उपयुज्यापि समर्थयितुं शक्नुमः. नो चेत् वतिपदघटितम् अनित्यम् इति प्रसिद्धवाक्यम् आश्रित्यापि तस्य समर्थनं कर्तुं शक्नुमः.
अत्र भगिनी एकम् अन्यत् अस्ति चिन्तनं, थ्री विदो लोटो वा 3483, देन् लोटो लङ्व 3485, देन् नित्यं नितः 3499. सो 3499 मध्ये किमर्थं नित्यम् इति पदः? पूर्वे यानि सूत्राणि तेषां कार्यं विकल्पेन भवति, परन्तु अत्र यत् सूत्रं नित्यम् इति पदम् आयाति चेत् तत्र एतत् कार्यं नित्येन भवतु न तु विकल्पेन भवतु.
तदर्थमेव अत्र महती चर्चा इति उक्तम्. वीणा भगिनी, भवती यद् अवगतवती तदेव एकं वाक्यं वदतु.
हा, अत्र वतीप्रत्ययः इत्युक्ते तत्र अनित्यम् इति प्रसिद्धं वाक्यम् अस्ति. वतीपद यत्र आगच्छति अत्र, अतः न नित्यः इति अत्र सारांशः अस्ति. अनेन सूत्रेण एव तत्र लोट् लकारे अस्य प्रसक्तिः एव नास्ति. अत्र झोन्तः इति प्रथमपुरुषे बहुवचने अस्य सूत्रस्य प्रसक्तिः एव नास्ति. शाकटायनस्य इति कार्यसूत्राभ्यामपि यत्र फलम् अपेक्षते तत्रैव एतस्य सूत्रस्य अपेक्षा अस्ति. अत्र न अपेक्षितं फलं न अपेक्षितम्, अतः तत्र एतस्य सूत्रस्य कार्यमेव न आगच्छति लङ्वत् इति कारणेन. अनित्यम् एतत् सूत्रं तु अनित्यम् अस्ति इति दत्तम् अस्ति भगिनि.
बहु सम्यक्, इत्युक्ते लोटो लङ्वत् कार्यं सर्वत्र न भवति. लोटि सर्वदा सर्वत्र लङ्गीकार्याणि भवन्ति चेत् तादृश अर्थं स्वीकुर्मः चेत् अनिष्टरूपापत्तिः भवति, अनिष्टं रूपं सिद्ध्यति. यत्र यत्र फलमपेक्षितं तत्र एव लोट् लकारः लङ् इव प्रवर्तते इति स्मर्तव्यः अंशः अस्तु. उत्तमपुरुषप्रत्ययानां प्रसङ्गे मेरिणिः इति सूत्रं ज्ञातव्यं, मध्यमपुरुषप्रत्ययानां प्रसङ्गे सेर्ह्यपिच्च इत्यादीनि सूत्राणि ज्ञातव्यानि. अग्रिमे सप्ताहे तेषां प्रसङ्गे चर्चा भविष्यति. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.